వాల్మీకి మహర్షి విరచితం శ్రీమద్ రామాయణం ఆది కావ్యం ఇది వయం వ్యవహరామ. సంస్కృతే ఆది కావ్యం ఇది కథనేన కారణేన భారతస్యైవ ఆదిమం కావ్యం ఇది ఉక్తమేవ భవతి. యతో హి ఇతర భాషాణాం ప్రాదుర్భావతః పూర్వం సంస్కృతం ఏకైవ కావ్యభాష భారతే ఆసీత్. అతః ఆది కావ్యం ఇది రామాయణస్య యా ప్రసిద్ధి తత్ రామాయణస్య వైశిష్ట్యం ప్రకటయతి. తదుపరి ఏతద్విషయే అధికం వక్తవ్యమపి నాస్తి. శ్రీమద్ రామాయణం అత్యంత విశిష్టమస్తి. యత్ర ఇతివృత్త సంరచనాయా సంరచనా దృష్ట్యా అథవా పాత్ర చిత్రణస్య దృష్ట్యా అథవా రసాది సన్నివేశానాం దృష్ట్యా అథవా వర్ణనానాం గాంభీర్య దృష్ట్యా భూయో భూయః శతశః సహస్రశః గ్రంథాః లిఖితాస్సంతి. సర్వాత్మనా అత్యంతం విలక్షణం అతయేవ ఏతత్క్షణ పర్యంతం ఏతావత్ దీర్ఘకాలం యావదపి తస్య మహత్వం తత్ అనుభవత్యేవ ప్రతిష్టాపయత్యేవ. భాషాదృష్ట్యా అపి రామాయణస్య పరిశీలనాని బహూని సంజాతాని. బహుసంఖ్యాకాః గ్రంథాః అపి విరచితాః సంతి. క్వచిత్ క్వచిత్ తేషు భాషాదృష్ట్యా రామాయణాధ్యయన గ్రంథేషు ఈషత్ ప్రమాణేన భాషాయాః ప్రయోగ విషయే అపి చర్చ తైస్తైః గ్రంథకారైః కృతా వర్తతే. విశిష్య ఇడియం ఇతి అథవా అద్య లౌకిక వ్యవహారార్థం సంస్కృతం వ్యవహారపథే ఆనీయం ఇది సంకల్పేన ఏ అహర్నిశం ప్రయత్నశీలాస్సంతి తేషాం వ్యవహార కౌశలే ప్రామాణికత సంపాదనార్థం అపేక్షితం పదజాలం అథవా ఆంగ్లభాషాయాం ఇడియం ఇత్యుచ్యతే ప్రాయః ప్రోక్తిః ఇతి వయం తస్య సంజ్ఞాం స్వీకర్తుం ప్రభవామః. తర్హి ప్రోక్తిదృష్ట్యా రామాయణం అత్యంత విశిష్టం వర్తతే ఇతి అహం అనుభవం. రామాయణీ యా భాషా సా అత్యంత లౌకికీ జీవద్భాషా వర్తతే. ఆంగ్లభాషాయాం కలోక్యువల్ లాంగ్వేజ్ ఇది కలోక్యువల్ యూసేజ్ ఇది కథయంతి. నామ జనసామాన్య వ్యవహారే యా భాష సా భాష కలోక్యువల్ భాష ఇత్యుచ్యతే. అహం మన్ని సంస్కృతవాంగ్మయే సర్వగ్రంథాపేక్షయా రామాయణే యా భాష సా భాష జనసామాన్య భాష ఇది వయం ప్రతిష్టాపయితుం ప్రభవామ. తత్ర వాక్య సంరచనా పద్ధతిరపి విలక్షణా వర్తతే. యథా ప్రాయః సామాన్యజనః ఇదానీమపి లోకే యాదృశ వాక్య సంరచనాం కరోతి వ్యవహార సమయే తాదృశాన్యేవ వాక్యాని తాదృశీ ఏవ వాక్య సంరచన రామాయణే వయం ప్రతి పదం ప్రతి శ్లోకం అనుభవామ. అతః రామాయణస్య వ్యవహార భాషాదృష్ట్యా అధ్యయనం ఇదానీం అత్యధికం సాఫల్యం సంపాదయితుం ప్రభవతి. అపి చ సంస్కృతభాషాయాః ప్రామాణిక వ్యవహారార్థం ఏకం మానకమపి తద్భవితుమర్హతి. బహువిధ వైలక్షణ్యాన్ని అహం రామాయణభాషాయాం అనుభవామి. బహూనాం క్రియాపదానాం धातुपाठे अर्थप्रतिपादनसन्दर्भे अत्यन्तस्थौल्येनैव भगवता पाणिनिना अर्थः प्रतिपादितोऽस्ति। यथा खलु गतौ गतौ इति गत्यर्थकत्वेन शतशः धातूनां पाठम् अकरोत् महर्षि, परन्तु सर्वे ते धातवः गत्यर्थकाः इत्युक्ते एकमेव क्रियाविशेषं द्योतयन्ति इति भ्रमः न कार्यः। तत्र क्रियासामान्यं तत्र क्रियासामान्ये ये भेदास्सन्ति तान् भेदान् कीर्तयितुम् अशक्यत्वात् गतिः इत्युक्तं वर्तते, परन्तु प्रत्येकधातोः विलक्षणः कश्चन क्रियाविशेषः अर्थरूपत्वेन वर्तते। तर्हि तेषामर्थः कथं ज्ञायेत? धातुपाठे तु गतिः इत्येव वर्तते। इत्युक्ते एक एव उपायः अत्र भवितुमर्हति, यत् साहित्यस्य अनया दृष्ट्या अवलोकनं करणीयं। साक्षात् साहित्ये प्रयुक्तानि साक्षात् क्रियापदानि वा भवेयुः अथवा धातुजन्यानि क्तान्तादिरूपाणि वा भवेयुः, तेषां सान्दर्भिकार्थस्वीकारं कृत्वा ततः तस्य धातोः वस्तुतः प्रतिपाद्यो यो अर्थः सः अर्थः अस्माभिः ज्ञेयो भवति, यतोहि व्यवहारः प्रयोगः अपि व्याकरणेन सह समानस्तरीयः प्रमाणं भवति भाषाविषये। अतः प्रत्येकक्रियायाः स्वरूपं वयं वचनेन प्रतिपादयितुं न प्रभवामः। अतः तानि तानि क्रियापदानि अथवा क्रियाजन्यानि पदानि रामायणादिसाहित्ये ग्रन्थेषु यत्र यत्र प्रयुक्तानि वर्तन्ते तत्र प्रयोगमाश्रित्य प्रयोगस्य च अर्थं सन्दर्भवशात् परिज्ञाय तस्मिन्नर्थे सः धातुः अद्य अस्माभिः प्रयोक्तव्यः इति एषैव नीतिः प्रामाणिकभाषितसंस्कृतस्य उन्नयने मार्गः एक एव एषा भवितुमर्हति इति अहं विश्वसे। अपि च रामायणे अनया दृष्ट्या रामायणे प्रयुक्तानां क्रियापदानां सान्दर्भिकार्थविश्लेषणं कृत्वा अद्य जीवव्यवहारे विद्यमानासु भाषासु तेलुगु हिंदी इंग्लिश इत्यादि भाषासु तादृशेषु सन्दर्भेषु प्रयुज्यमान क्रियापद समानार्थकता अस्माभिः स्वयं संवेदनीया भवति इति एक एव उपायः अवशिष्टो वर्तते भाषा प्रयोक्तॄणां सम्मुखे अद्य। अत्र व्याकरणं रूपसिद्धौ उपकरोति, परन्तु अर्थसिद्धौ बहु उपकारकं न भवति। अर्थसिद्धिः प्रयोगाधीन एव भवति, रूपसिद्धिः व्याकरणेन भवितुमर्हति इति एका दृष्टिः। अनया दृष्ट्या रामायणमध्येयं वर्तते। द्वितीया दृष्टिः का इत्युक्ते कतिचन साम्यवहारिक सन्दर्भेषु लोकभाषासु विलक्षणानि कतिचन पदानि अत्यन्तसरलतया जनसामान्येन प्रयुज्यन्ते। नाम जनसामान्येन इत्यस्य अर्थः कः इत्युक्ते पण्डितम् आरभ्य पामरपर्यन्तं सर्वैर्जनैः स एव शब्दः तस्मिन् सन्दर्भे तथैव प्रयुज्यते। एतादृशप्रयोगाः स्थिराः सन्ति लोकभाषासु। प्रायः संस्कृतव्यवहारकरणसमये काठिन्यं सर्वे अत्रैव अनुभवन्ति। तेषु सन्दर्भेषु संस्कृते कीदृशं पदं प्रयोक्तव्यं, कथं व्यवहर्तव्यमिति सर्वेषां संस्कृतभाषाभाषिणां पुरस्तात् अयं प्रश्नः अवश्यं वर्तते। तत्रापि रामायणादिसाहित्याध्ययनं नितराम् उपकरोति, विशिष्य च रामायणम् उपकरोति। यतोहि मम पक्षः रामायणं लोकभाषायां व्यवहारभाषायां ग्रथितं काव्यं वर्तते अत एव अद्य पर्यन्तमपि तथैव सम्मानपूर्वकं तत् जीवति तदनन्तरं ग्रथिताः बहवो ग्रन्थाः काले विस्मृता एव आसन् परन्तु रामायणं तु कदापि विस्मृतं नास्ति इति अनया अपि दृष्ट्या नाम पदसमूहस्य प्रयोगार्थं व्यवहारे प्रयोगार्थम् अपेक्षितविशिष्टपदजालस्य ग्रहणार्थं प्रयोगार्थञ्च रामायणस्य विशिष्टाध्ययनम् अस्माभिः करणीयमिति अहं विचारयामि तृतीयं तत्र रामायणे पदद्वय काम्बिनेशन् पदद्वयं योजयित्वा लघु लघु समस्तपदानि बहूनि प्रयुक्तानि सन्ति तेषां तां रीतिमाश्रित्य वयम् इदानीम् अपेक्षानुसारं बहुविधपदानां सन्निवेशं कृत्वा भिन्नभिन्ननूतनपदानि स्रष्टुं वयं सक्षमा भवेम यदि रामायणं वयं सम्यक् रूपेण पठेम यथा प्रियदर्शनः क्रूरदर्शनः पापदर्शनः इति पदानि बहुवारं रामायणे प्रयुक्तानि सन्ति तर्हि दर्शन इति शब्देन सह इतरेषां भावानां सन्निवेशं कृत्वा एकं विशिष्टं पदं समस्तं पदं महर्षिणा प्रदर्शितमस्ति महर्षिणा प्रयुक्तानां पदानां तथैव प्रयोगं करिष्यामः परन्तु तदतिरिच्य वयं तामेव रीतिमाश्रित्य इतरैः भावैः सह अपि वयं दर्शन इत्यादि पदानां योजनं कृत्वा इतोप्यधिकपदनिर्माणं वयं व्यवहारार्थं उपयोगिनां बहूनां पदानां निर्माणं कर्तुं प्रभवामः इति अन्यदेकम् अनया दृष्ट्या अध्ययने प्रयोजनं भवति बहूनां वस्तूनां बहूनां यद्यपि साक्षादर्थं न जानीमः वृक्षाणां लतानां पदार्थानां सङ्कीर्तनं वर्तते विशालं जगत् उपवर्णितं वर्तते रामायणे ततः अस्माकं पदसमुदायः प्राप्यते तत्र काठिन्यं केवलम् एतदेव तत्तद्वृक्षाणां नामानि तु सन्ति परन्तु वृक्षः कः इति अस्माभिः किञ्चित् ज्ञातव्यं वर्तते तदर्थम् उपायान्तराणि सन्ति अतः तयापि एषापि दृष्टिः वर्तते बहुविधविलक्षणप्रयोगान् वयं व्यावहारिकान् प्रयोगान् पश्यामः रामायणे तेषां रामायणमधिकृत्य तु इदानीमहं कथयन्नस्मि अनया दृष्ट्या मम मतौ अनया दृष्ट्या प्रत्येकमपि साहित्यग्रन्थस्य अध्ययनं करणीयं येन व्यावहारिकसंस्कृतभाषायाः प्रामाणिकता तथा दृढता तथा साधुता अपि सिद्ध्यति इति मम विचारः एवमेव रामायणमिति अहम् इदानीं कथयन्नस्मि एवमेव महाभारतस्यापि अनया दृष्ट्या अध्ययनं करणीयं पुराणानामपि अनया दृष्ट्या अध्ययनं करणीयं महाकवीनां काव्यानामपि अनया दृष्ट्या अध्ययनं करणीयं यद्यपि महाकवीनां काव्येषु अपेक्षितप्रमाणेन एतादृशदृष्ट्या अध्ययनेन प्रयोजनं न पश्यामः यतोहि तेषां ग्रन्थलेखनतात्पर्यं किञ्चित् अन्यदासीत् अतः तानि उपकारकाणि प्रायः न दृश्यन्ते नाटकेषु नाटकानि अनया दृष्ट्या अध्येतुं शक्यानि भवन्ति पुराणानि अनया दृष्ट्या अध्येतुं योग्यानि भवन्ति इतिहासाः अनया दृष्ट्या अध्येतुं योग्यानि भवन्ति इति एकम् अनया दृष्ट्या नाम यूसेज् इति आङ्ग्लभाषायां यदुच्यते नाम संस्कृतव्यवहारः व्यवहारदृष्ट्या एकवारं बहुवारञ्च विशिष्य रामायणम् इतरे च ग्रन्थाः यदि अधीयन्ते तेन व्यवहारे कौशलं पटुता च सरलतया सिध्यति इति मम अभिप्रायः। अस्मिन् संदर्भे पुराणांतर काव्यांतरापेक्षया रामायणस्य निरतिशयं वैशिष्ट्यं वर्तते अस्मिन् अंशे यथाहम् अनुभवामि। एतद् एकमेव पर्याप्तमस्ति संस्कृतव्यवहारस्य प्रामाणिकतां सम्पादयितुं, यतोहि भगवता वाल्मीकिनापि रामायणी गाथा इति गाथाशब्द एव प्रयुक्तो वर्तते। छन्दः अनुष्टुपपि अनुष्टुप् छन्दः अपि तदनुकूल एव तत्र आश्रितो वर्तते। प्रथमवारं श्लोकच्छन्दः यस्य वेगेन भावाभिप्रायकथने अतीव आनुकूल्यं श्लोके सन्दृश्यते। अपि च लोकेषु प्रचरिष्यति इत्येव महर्षिः स्वयं कथयति, इत्युक्ते तस्य गाथात्वं लोके प्रचारः इति अंशद्वयं भगवता वाल्मीकिना एव कीर्तितं वर्तते। इदं त्रिकालं सत्यं। अतः अत्रैव लोकाचारभाषा अत्रैव द्रष्टुं शक्यते, न तु अन्यत्र। अनया दृष्ट्या रामायणं वयं पठामः अत्यन्त उपकारकं भवति इति अहं विभावयामि। क्वचिद् अन्यत्र मया क्रियापदानां विश्लेषणं क्रियापदानां अर्थः कः इति रामायणप्रयोगमाश्रित्य कञ्चित् प्रयासमहम् अकरवं, क्वचिद् अन्यत्र अकरवम्। अद्य तु कतिचन पदानां विषये किञ्चित् विश्लेषणं कुर्मः। सरलमेतद् भवति, क्रियापदानां तु किञ्चित् तस्मिन् सन्दर्भे विद्यमानश्लोकत्रयं श्लोकचतुष्टयञ्च मनसि कृत्य तस्य अर्थः सन्निधापने निश्चेतव्यो भवति। अतः तत् कालान्तरे करिष्यामः। कतिचन पदानि पश्यन्तु। प्रविश्यतु महारण्यं दण्डकारण्यमात्मवान् ददर्श रामो दुर्धर्षः तापसाश्रममण्डलम् इति श्लोकः वर्तते। अत्र महारण्यं प्रविश्य आत्मवान् रामः ददर्श इति वर्तते। आत्मवान् इति शब्दस्य कोऽर्थः? आत्मवान् इति शब्दः आत्मन् शब्दात् मतुप्रत्ययः वर्तते। एवञ्च आत्मवान्, आत्मा अस्य अस्ति इति आत्मा इति सामान्यार्थः सिद्ध्यति। परन्तु तेन च अर्थेन प्रयोजनं नास्ति। आत्मानं विना कोऽपि मनुष्ये एव न भवति चेत् रामः कथं भवेत्? तर्हि आत्मवत्त्वं स्वतःसिद्धमात्मवत्त्वं पुनः आत्मवान् इति शब्देन कथनस्य तात्पर्यं किम्? यत् आत्मवत्त्वं स्वतःसिद्धं तस्य विशेषणमुखेन कथनस्य तात्पर्यं किम् इत्युक्ते, आत्मवान् नाम यैः धर्मैः विद्यमानैः कश्चिदात्मा आत्मशब्दप्रयोगभाक् भवति तादृशधर्मवान् इत्यर्थः। नाम यद्यत् एकः मनुष्यः इति वक्तुं यद्यदपेक्षितं तत्सर्वं यस्मिन् वर्तते तस्यैव पुनः मनुष्यत्वकथनं प्रामाणिकं भवति। अतः तत्र क्वचित् व्याख्याने धैर्यवान् इति व्याख्यानं कृतं, क्वचिद् व्याख्याने स्वायत्तचित्तः इति। इदमपि केवलं मार्गदर्शनमेव भवति, वस्तुतः परिपूर्णव्याख्यानमिति वक्तुं न शक्नुमः। अत एव कालिदासोपि अजविलापे आत्मवत्तया इति प्रयोगं करोति। अजविलापसन्दर्भे वसिष्ठस्य उपदेशे इति मन्ये आत्मवत्तया आत्मवत्ता इति प्रकटय इति प्रयोगं करोति। कोऽर्थः इत्युक्ते, अत्यन्तप्रकृष्टं धैर्यं, प्रकृष्टः विवेकः, प्रकृष्टञ्च सत्त्वं, सर्वमेतत् सम्भूय अत्र आत्मवत्शब्दः प्रयुज्यते। अतः तादृशमहापुरुषाणां कदाचित् अद्य कोऽपि जनः अत्यन्तम् उत्तमं कार्यं साधनसम्पत्तेः अभावे अपि సత్వబలేన కార్యం హస్తే స్వీకృత్య సఫలతయా తన్ నిర్వహతి తస్య పురుషస్య విషయే అద్యాపి వయం ఆత్మవత్ శబ్దం ప్రయోక్తుం ప్రభువామ. అయమపి ఉదాహరణ లౌకిక ఉదాహరణాన్ని అని కథయాను. యథా కదాచిత్ మహాత్మనః గాంధేహ విషయే వయం ఆత్మవాన్ ఇతి ప్రయోక్తుం శక్నుమః. వివేకానందస్య విషయే ఆత్మవత్తు ఆత్మవాన్ వివేకానందః ఇతి ఆత్మవాన్ ఇతి విశేషణం స్వామి వివేకానందస్య సందర్భే, మహాత్మా గాంధీ సందర్భే, వల్లభాయ్ పటేల్ సందర్భే, లాల్ బహదూర్ శాస్త్రి సందర్భే, ఏవమేవ అన్యాన్య క్షేత్రేష్వపి యే ఉత్తమోత్తమ కార్యాణి కేవలం ఏక సంకల్పబలేన స్వసంకల్పబలేన స్వకీయ మనసః స్వకీయ సంకల్పస్య బల స్వకీయ చిత్తస్య బలేన మనోబలేన జితవంతః కృతవంతః తేషు ఇదం ఆత్మవత్ ఆత్మవాన్ ఇతి శబ్దః ప్రయోక్తు విశేషణతయా ప్రయోక్తుం శక్యతే. అతః ఏతాదృశ శబ్దానాం ప్రతిదిన వ్యవహారేపి ఆవశ్యకత వర్తతే ఇతి కథం. అనంతరం పునరేకం వ్యవహారం పశ్యామః. రూపసంహననం లక్ష్మీం సౌకుమార్యం సువేషతాం దదృశుర్విస్మితాకారాః రామస్య వనవాసినః. వనవాసినః జనాః విస్మితాకారాః సంతః. రామస్య రూపసంహననం లక్ష్మీం సౌకుమార్యం సువేషతాం దదృశు ఇది వర్తం. అత్ర రూపసంహననం ఇది ప్రయోగ వ్యవహారార్థం ఇదానీ వ్యవహారే ఉపయోక్తుం యోగ్య కశ్చన శబ్ద. రూపసంహననం నామ ప్రాయ వయం ఏతత్ కథయామః ఏకస్య జనస్య సందర్శన మాత్రేణ వయం ఏకం లోకభాషాసు ఝటితి వదామః తస్య పర్సనాలిటీ అతీవ ఆకర్షకం వర్తతే ఇది వదామః. పర్సనాలిటీ ఇత్యుక్తే పర్సనాలిటీ ఇది శబ్ద వ్యాపకార్థేపి ప్రయుజ్యతే. కదాచిత్ భౌతిక శరీర సన్నివేశమపి వయం పర్సనాలిటీ శబ్దేన కథయంతః భవామః. లోకభాషాసు ప్రచురతయా వయం కదా కథయామః. ఉదాహరణాన్ని వక్తవ్యాన్ని చేత చలచిత్ర నాయికానాం వా నాయకానాం వా అథవా అత్యంత సుందర స్త్రీ పురుషాణం సందర్భే ఏతాదృశ లఘు లఘు వ్యవహారాన్ను పండితాః పామరాశ్చ సర్వే జనాః కుర్వంతి. ఓ తస్య పర్సనాలిటీ అతీవ రుచిరం వర్తతే. తత్ర ఇదానీ తస్య అనువాదకరణే సంస్కృతే అను తాదృశ అభిప్రాయాః వక్తవ్యాః వ్యవహర్తవ్యాశ్చేత్ భవంతి తస్య రూపసంహననం విలక్షణం విశిష్టం చ వర్తతే ఇతి కథయితుం ప్రభువామః. అత్ర హనహింసాగత్యోః ఇతి ధాతుః మహర్షిణా ప్రయుక్తః. అత ఏవ ప్రయోగమాశ్రిత్య ధాతూనాం అర్థ నిర్ణయః కరణీయో భవతి ఉపసర్గాణాం అర్థనిర్ణయః కరణీయో భవతి. తత్ర వ్యాకరణం ఉపకారకం న భవతి. వ్యాకరణం రూపసిద్ధౌ ఉపకారకం భవతి అర్థసిద్ధౌ న. అతః రూపసంహననం ఇత్యేవ ప్రయోగస్య సత్వాత్ నామ భగవతః రామచంద్రస్య యత్ భౌతిక బహిః ఆకారః వర్తతే తద్దృష్ట్వా విస్మితాకారా జాతాః తత్ర వనగోచరః మహర్షయః సర్వే ఇతి ప్రాసంగికోర్థః సిద్ధ్యతి. నామ పుంసాంబోహన రూపాయ పుణ్యశ్లోకాయ మంగళం ఇత్యపి వయం భగవతః కీర్తనమపి కుర్మః. నామ తదీయ భౌతిక బహిరాకారః అపి బహిరాకార ఏవ రూపసంహనన శబ్దేన అత్ర ప్రతిపాదితః. తర్హి ఏతాదృశ సందర్భస్య వ్యవహారః లోకే అపేక్షతే. అద్యాపి వయం కంచిత్ విశిష్టం పురుషం కమపి పశ్యామః అథవా క్వచిత్ కదాచిత్ అస్మాకం నగరే అథవా గ్రామే కశ్చిత్ అతీవ ప్రసిద్ధ చలచిత్రజన ఆగచ్చతి తర్హి కించిత్ తద్విషయే వక్తవ్యం చేత తాదృశానాం పదానాం ఉపయోగార్హత భవతి. तिलकव्याख्याने आपादकेशं सुश्लिष्टः सम्बन्धः इति व्याख्यानं कृतं तदेव फिजिक् इति आङ्ग्लभाषायां यद्वदामः तत् आपादकेशं सुश्लिष्टः सम्बन्धः येन येन अवयवेन येन प्रमाणेन यथा येन आकारेण भवितव्यं तत्सर्वं तेन प्रकारेण तथा वर्तते श्रीरामचन्द्रे इत्यर्थः त्ररूपसम्मरणशब्देन अभिव्यज्यते तर्हि तादृशं रामचन्द्रसदृशं पुरुषं वयं द्रष्टुं न शक्नुमः परन्तु व्यवहारार्थं तु उपकारकं भवति यत्र वयं किञ्चित् बहिराकारविषये अस्माकं अभिप्रायं प्रकटयितुम् इच्छामः तदानीम् एतत् पदम् अस्माकम् उपकारकं भवति गोविन्दराजये रूपसन्निवेशः इति सम्यक् अवयवसंस्थानमिति अन्यस्यां व्याख्यायानम् अवयवसंस्थानमिति अत्र अवयवसन्निवेशः इत्यपि कथयन्ति सन्निवेशशब्दोऽपि वर्तते क्वचित् नाटकेषु सन्निवेशशब्दो वर्तते संस्थानमिति शब्दः अपि वर्तते संस्थानं नाम आकारः एषोऽपि शब्दः तदर्थं वर्तते अवयवसंस्थानमिति अन्यमेकं पदं पश्यामः न्यस्तदण्डा वयं राजन् जितक्रोधाः जितेन्द्रियाः रक्षितव्यास्त्वया शश्वत् गर्भभूतास्तपोधनाः इति एकं पदं वर्तते अत्र गर्भभूताः इति पदं प्रयुक्तं वर्तते अहम् अत्यधिकम् इदमेव कलोक्युलिज़म् इदमेव व्यावहारिकता रामायणस्य एषैव व्यावहारिकता इति अहं कथयामि अपि च व्यवहारार्थम् एतादृशाः शब्दाः नितराम् अपेक्ष्यन्ते इति भूयो भूयः कथयामि कुतः पश्यन्तु तपोधनाः भगवन्तं रामचन्द्रं प्रार्थयन्ते यत् अवश्यमेव त्वया सर्वदा वयं रक्षणीयाः किमर्थं रक्षणीयाः इत्युक्ते न्यस्तदण्डाः वयं राजन् हे राजन् हे राजा रामचन्द्र वयम् अस्माकं यानि आयुधानि अस्माकं वशे सन्ति एवं नास्ति वयं निरायुधाः इति एवं नास्ति यत् वयं स्वयं राक्षसान् प्रतिकर्तुं वा प्रतिरोद्धुं वा न प्रभवामः इति नास्ति वयं स्वयं तु सक्षमा एव दण्डधारिता अपि अस्माकम् आसीत् परन्तु इदानीं वयं न्यस्तदण्डाः तान् दण्डान् सर्वान् वयं सन्न्यस्तवन्तः परित्यक्तवन्तः कुतः परित्यक्तवन्तः इत्युक्ते तपसः करणप्रसङ्गेन परित्यक्तवन्तः तत्र जितक्रोधाः इदानीम् अद्य तपसः कारणात् अपि च संयमनकारणात् व्रताचरणकारणात् वयं क्रोधमपि कर्तुं न प्रभवामः कस्मिन्नपि प्राणि सामान्ये वयं क्रोधमपि कर्तुं न शक्नुमः कुतः क्रोधं कर्तुं न शक्नुमः जितेन्द्रियाः इन्द्रियाण्येव अस्माभिः जितानि सन्ति येन पुरुषेण इन्द्रियाणि जितानि सन्ति तस्य कामादिप्रसङ्गो न भवति कामादिप्रसङ्गाभावे कामस्य व्याघातकारणेन जायमानः क्रोधः न सम्पद्यते क्रोधाभावे दण्डधारणस्य अपेक्षा नास्ति एवञ्च इमानि विशेषणानि एकया रीत्या परस्परं शृङ्खलारूपेण सन्ति यस्मात् जितेन्द्रियाः वयं जितेन्द्रियत्वमेव तैः कामयते तदर्थमेव तपः तपसः आचरणं कुर्वन्ति अतः जितेन्द्रियाः यस्माज्जितेन्द्रियाः तस्मात् जितक्रोधाः यस्माच्च जितक्रोधास्तस्मात् असन्यस्तदण्डाः वयं स्मः इत्युक्ते स्वयं राक्षसानां विप्रकारं रोद्धुं सक्षमास्सन्तोऽपि वयं त्वया अद्य संरक्षणीयाः इति प्रार्थनायाः तात्पर्यं कुतः भवान् राजा वर्तते भवतः इदं कार्यं वर्तते अपि च कथं रक्षणीयाः इत्यत्र सौन्दर्यं वर्तते गर्भभूतास्तपोधनाः इति कथयति वयं गर्भसदृशाः वयं गर्भवत् परिपालनीयाः वयं गर्भभूताः नाम गर्भस्थानीयाः इत्यर्थः तत्र तिलकव्याख्याने कथयति यथा मातृगर्भे प्राप्तो जीवः मात्रा रक्ष्यते तद्वत् रक्ष्याः इत्यर्थः इति तिलकव्याख्याने वर्तते इत्युक्ते प्रायः गर्भे शिशोः उत्पत्तेरनन्तरं गर्भः संरक्ष्यते मात्र तद्वत् वयं भवता राज्ञा सता रक्षणीयाः इति श्लोकार्थः वर्तते अस्य व्यवहारोपयोगिता कथमिति वयं पश्यामः तेलुगुभाषायां वयं बहु सहजतया जनसामान्येन जनसामान्यम् एतादृशं वयं एतादृशं जनसामान्यसिद्धं व्यवहारं कुर्मः కడుపులో పెట్టుకుని కాపాడండి ఇది వదామః కడుపులో పెట్టుకుని ఇత్యస్య అర్థః ఉదరే స్థాపయిత్వా సంరక్షణం కరణీయం ఇది ప్రాయః కన్యాయాః వివాహానంతరం పతిగృహం ప్రతి యదా పిత్రా కన్యా ప్రేష్యతే తదానీం పతి పరివార శ్వశురాదీనాం సమక్షం ప్రాయః ఇదమేవ వచనం కథయతి పిత అద్యాపి తెలుగు భాషాయాం ప్రకరణే యత్ ఇమామహం తనయాం బహు ప్రేమణా బహు స్నేహేన చ సంవర్ధితవాన్ అస్మి ఇదానీం భవతే ఏషా భవదీయా ఏషా కన్యా జాతా భవతే అహం సమర్పయామి ఇమాం గర్భే సంస్థాప్య రక్షతు కడుపులో పెట్టుకుని కాపాడుకోండి ఇది వదామ ఏవమేవ క్వచిత్ కతిచన జీవన అత్యంత రహస్యభూతాన్ అర్థాన్ ప్రతిపాద్య ఏక సుహృత్తు అన్య సుహృదంతరం కథయతి ఏతత్ సుహృద్భవానితి కృత్వా అహం ఉక్తవాన్ అస్మి భవాన్ ఉదరే స్థాపయతు కడుపులో పెట్టుకో ఇది వదామ కడుపులో పెట్టుకోనామ బహిర్న కథయతు ఉదరే స్థాపయతు ఇది వదామ ఏతాదృశ లౌకిక వ్యవహారాలు సంతి తస్తేషు సందర్భేషు ఏతాదృశ వ్యవహారం వినా అన్య వ్యవహారః ఏవ న సంభవతి ఇదమేవ ఇడియం నామ తాదృశ ఇడియం ఇదానీం అస్మాకం సంస్కృతే సందృశ్యతే గర్భభూతా వయం రక్ష్యా ఇది రామాయణ ప్రయోగః ఏతాదృశ ఇడియమేటిక్ యూసేజ్ వర్తతే ఇతి నిదర్శయతి ప్రమాణయతి అతః ఇదానీం వయం తాదృశ సందర్భేషు గర్భే సంస్థాపనీయ గర్భభూతా రక్షణీయ ఏషా కన్యా భవద్గృహే అద్య మయా ప్రాపిత స్నేహేన సంవర్ధితామయా గర్భభూతా రక్షణీయ ఇతి కథనే ప్రామాణికత తత్ లోకభాష సహజసిద్ధత సంస్కృతేపి ఆయాతి అత్ర సందర్భే యత్కించిత్ పదాంతరం ప్రయుంజ్మహే అథవా అభిప్రాయాంతరేణ వయం అభిప్రాయ ప్రకటనం కుర్మః తత్ కృత్రిమం భవతి సహజం న భవతి యతో హి అస్మిన్ సందర్భే ఏతాదృశ వాక్య ప్రయోగః అద్యాపి సర్వాసు మాతృభాషాసు లోకభాషాసు సందృశ్యతే యచ్చ రామాయణే సందృశ్యతే అతః ఏతాదృశ అనయా దృష్ట్యా రామాయణ ప్రయోగాణం విశ్లేషణం కరణీయమితి అహం భూయో భూయః వినివేదయామి న్యాయవృత్తః ఇతి కించిద్ అన్యత్ పదం తథాన్యే తాపసా సిద్ధాః రామం వైశ్వానరోపమాః న్యాయవృత్తా యథాన్యాయం తర్పయామాసు ఈశ్వరం అత్ర న్యాయవృత్తాః ఇతి వర్తతే ఇత్యుక్తే యస్య పురుషస్య వృత్తం నామ జీవనం న్యాయాత్మకం భవతి న్యాయ అవిరోధి భవతి న్యాయమతిక్రమ్య న భవతి యాదృశ సందర్భే యథా వ్యవహర్తవ్యం ఇతి న్యాయసిద్ధమస్తి తథైవ జీవన పర్యంతం యః వ్యవహరతి సః న్యాయవృత్తః ఇది నామ అత్యంతం అత్ర ఏతాదృశేషు అస్య ప్రయోగ లోకే ప్రయోగ కుత్ర అపేక్షతే ఇత్యుక్తే ప్రాయః వయం కశ్చిత్ ఆఫీసర్ कार्यालये कश्चित् योग्यः पदाधिकारी वर्तते यः यथान्यायमेव सर्वदा डिसिशन् स्वीकरोति निर्णयं स्वीकरोति यथा तस्य पदस्य वशात् यादृशे सन्दर्भे यादृशो निर्णयः स्वीकरणीयः तथैव तादृशमेव निर्णयं स्वीकरोति तस्मिन् सन्दर्भे न तु रागद्वेषवशात् निर्णयान्तरम् ईषदपि इतस्ततः यः न करोति तं वयं लोके तादृशजनान् अधिकृत्य वयं लोके बहुवारं व्यवहारं कुर्मः अतीव ला मैण्डेड् ला अबैडिङ्ग् पर्सन् ला मैण्डेड् पर्सन् इत्यादि इत्यादि रूपेण वयं व्यवहारं कुर्मः कदाचित् अत्र अनुवादादिकरणसन्दर्भे इतरपदान् इतरशब्दानां यथा धर्मप्रवृत्तिरिति वा अत्यन्तं नियमानुसारी इति इत्यादि अनुवादाः कृत्रिमाः भवन्ति तत्र रामायणमस्माकं पथप्रदर्शकं भवति न्यायवृत्तः असौ पदाधिकारी असौ जिल्ला कलेक्टर् अत्यन्तं न्यायवृत्तः न्यायवृत्तः इति पदम् अस्माकं प्रयोगे वर्तते न्यायम् अनतिक्रम्य यस्य वर्तनं वृत्तिः वर्तते सः न्यायवृत्तः अतः सिद्धानां एतेषां प्रयोगानां अभिज्ञानं कृत्वा पुनः व्यवहारे तानि पदानि आनीयानि भवन्ति कदाचित् एकस्याः कथायाः अनुवदनसन्दर्भे तादृश आफीसर् विषये यदा प्रसङ्गः आयाति तदानीं सरलतया वयं नियमानुसारीयपदाधिकारी आफीसर् आसीत् अथवा धर्मतः कार्यं करोति स्म इत्यादि इत्यादि प्रयोगापेक्षया एतादृशपदानां सन्निवेशने तस्य अनुवादकरणस्य स्तरः अत्यर्थं संवर्धते इति कथनस्य तात्पर्यम् वसादिग्धम् इति एकं पदम् अत्र दिह उपचये इति वर्तते धातुः परन्तु वसादिग्धम् इति प्रयोगकारणात् वसा मांस रक्तादिभिः अन्यपदार्थस्योपरि यदा लेपनं भवति खड्गादिषु लेपनं भवति तत्र लिम्पधातुस्तु वर्तते परन्तु तदपेक्षया दिघधातोः एतादृशप्रयोगः कर्तुं शक्यते इति अत्र प्रमाणम् एतद् भवति पाणिनीयधातुपाठात् इदं न सिध्यति अस्य अत्र उपयोगो वर्तते देह इत्यादि शब्दसन्दर्भे देह उपचये इति धातोः वसादिग्धं वसा नाम पूयः शरीरे यद्वर्तते गोविन्दराजीयेन पूयव्याप्तं तं नाम त्रीन् सिंहांश्चतुरो व्याघ्रान् द्वौ वृषौ वृषतान् दश सविषाणं वसादिग्धं गजस्य च शिरो महत् वसादिग्धं गजस्य महत् शिरः वसा नाम तत् आन्तरः कश्चन द्रवविशेषः तेन व्याप्तं लिप्तं सुमहत् गजस्य शिरः कस्यचित् राक्षसस्य आहार इति वा तेन यत्किञ्चित् प्रकरणं किञ्चित् इतोपि जागरूकतया व्याख्यातव्यं वर्तते भवन्तः द्रष्टुं शक्नुवन्ति तृतीयकाण्डे द्वितीयाध्याये सप्तमश्लोकः अत्र प्रकरणात् तत् अवगन्तुं प्रति अतः एतेन वयं किं कर्तुं शक्नुमः इत्युक्ते रक्त मांस वशा पूय इत्यादि पदार्थैः सह लेपितस्य वस्तुनः कीर्तनसमये वसादिग्धं रक्तदिग्धं मांसदिग्धम् इति प्रयोक्तुं शक्नुमः इति एतत् एक काम्बिनेशन् वसादिग्धमिति एकं काम्बिनेशन् एतदाधारेण वयं इतराण्यपि पदानि निर्मातुमपि प्रभवामः जनरेट् कर्तुमपि प्रभवामः अस्मिन्नर्थे एष धातुः अत्र प्रयुक्तः प्रायः द्रवपदार्थेन सह கசிச்சித் அத்ரவபதார்த்தஸ்ய சயோக சந்தர்ப்பே அஸ்ய பதஸ்ய பிரயோகா உசிதோ பவதி. அனந்தரம் க்ஷீணஜீவிதௌ இதி ஏகஹ பிரயோகஹ அங்கேனாதாய வைதேஹிம் வைதேஹீம் அபக்ரம்ய ததோப்ரவீத் யுவாம் ஜடாச்சீரதரௌ சபார்யௌ க்ஷீணஜீவிதௌ. சீதாம் அபஹிருத்ய கஷ்சித் ராட்சஸஹ விராதோவா கபந்தோவா அங்கேன ஆதாய தாம் சீதாம் அபக்ரம்ய ததஹ தூரதேசம் கத்வா ராமலக்ஷ்மணௌ உத்திஷ்ய ஏதத் உக்தவான் யுவாம் சீர் ஜடாச்சீரதரௌ ஜடாச்சீரதரௌ முனிவேஷதரௌ இத்யர்த்தஹ சபார்யௌ ததாபி பார்யயா சஹிதௌ இத்யத்ர கிஞ்சித் ராட்சஸஸ்ய திருஷ்யா கிஞ்சித் அனௌசித்யஸ்ய பிரகடனமபி வர்த்ததே. ஜட்டாச்சீரதரஸ்ஸன் கிமர்த்தம் சபார்யோ பவதி இதி அஸ்து நாம தத்ர அஸ்மாகம் இதானீம் திருஷ்டிஹ நாஸ்தி. யுவாம் க்ஷீணஜீவிதௌ மத்சகாசம் மம சமக்ஷம் பவந்தௌ ஆகதௌ இத்யுக்தே பவதாம் ஜீவிதம் க்ஷயம் கதம் இத்யர்த்தஹ. க்ஷீணஜீவிதஹ இதி பதம் நாம க்வசித் க்வசித் அத்யந்த ஜீவன க்ஷதேஹே சம்பாவித பிரதேசேஷு கமன சந்தர்ப்பே பர்வதாக்ரேஷு கதன சந்தர்ப்பே அதுவா சமுத்திர மத்யே தரண சந்தர்ப்பே ஏதாதிருஷேஷு க்வசித் க்வசித் ஏஷா க்ஷீணஜீவிதஹ இதி ஏகம் பதம் ததா அத்யந்த விசிஷ்டம் கிமபி நாஸ்தி. க்ஷீணம் ஜீவிதம் நாம பவதாம் ஆயுஹு பிராயஹ அவசிதம் இத்யர்த்தஹ. யதா கதாசித் அபகாதானந்தரம் கஷ்சன மார்க்கே பதிதோ த்ருஷ்யதே பிராயஹ க்ஷீணஜீவிதஹ நம கிஞ்சித் மிருதப்ராயஹ இதி கதயாமஹ தத்வத் க்ஷீணஜீவிதஹ இத்யபோயம் க்ஷீணஜீவிதம் தம் உத்தாயப்ய சிகிச்சாலயம் நீதவான் இதி வா. தாதுஷ சந்தர்ப்பேஷு அஸ்ய பதஸ்ய உபயோகார்ஹதா பிரயோகார்ஹதா வர்த்ததே பிரயோகம் கர்த்தும் வயம் பிரபவாம. முனிதூஷகௌ இதி ஏகஹ அதர்மச்சாரிணௌ பாபௌ கௌ யுவாம் முனிதூஷகௌ அஹம் மமவரமிதம் துர்கம் விராதோ நாம ராட்சஸஹ. விராத கதயதி ராமலக்ஷ்மணௌ அதர்மச்சாரிணௌ அதர்மச்சாரித்வம் தஸ்ய திருஷ்ட்யா ராமலக்ஷ்மணயோ வர்த்ததே கிமர்த்தம் முனிவேஷதரௌ ததாபி சசஸ்திரௌ தாபசாவிவ திருஷ்யமானௌ ததாபி ஸ்திரியா சஹ சஞ்சரமானௌ அபிச தஸ்ய திருஷ்ட்யா ஏகா ஏவ யுவதி வர்த்ததே சீதா உபௌ ச புருஷௌ இதி அனயா திருஷ்ட்யா நம தஸ்ய திருஷ்ட்யா ஏதௌ அதர்மச்சாரிணௌ இதம் சர்வம் அதர்ம ஆச்சரணம் பவதி தஸ்ய திருஷ்ட்யா பாபௌ அதேவ பாபௌ கௌ யுவாம் பவதௌ பவந்தௌ த்வௌ கௌ இது பிருஷ்ட்வா முனிதூஷகௌ இது கதயதி. முனிதூஷகஹ இது சப்தஹ அத்ர அத்யந்தம் பிரயோகே உபகாரகோ பவதி நம தத்ர திலக வியாக்யானே வர்த்ததே முனிவேஷ விருத்தஹ ஏகபார்யாசக்தௌ முனிவேஷஸ்ய விருத்தாச்சரணம் குர்வந்தா இது ஏதத் வயம் இதானீம் வைத்தியதூஷகஹ யஹ வைத்தியச்சலேன சரீராத் கிட்னி அபஹிருத்ய ஸ்வகீய பேஷண்ட் சரீராத் கிட்னி அபஹிருத்ய விக்ரீணாதி சஹ வைத்தியதூஷகஹ முனிதூஷகஹ ஏவமேவ பததூஷகஹ யஸ்மின் பதே யஹ அதிகாரி வர்த்ததே சஹ தஸ்ய பதஸ்ய அனனரூபம் ஆச்சரதி சேத்து பததூஷக இத்தியாதி இத்தியாதி காம்பினேஷன்ஸ் இதமேவ அஹம் பூர்வம் ஆதோ உக்தவான் தூஷக இதி சப்தேன சஹ முனி இத்தியாதி ப்ரொஃபெஷன்ஸ் ஸ்வீகிருத்ய யாவத் ப்ரொஃபெஷன்ஸ் சந்தி கிளர்க் வர்த்ததே அதிகாரி வர்த்ததே கலெக்டர் வர்த்ததே மந்திரி வர்த்ததே அனந்தரம் சிஇஓ வர்த்ததே ப்ரோக்ராம் ஆஃபீஸர் భిన్నభిన్న ప్రొఫెషన్స్ సంతి ఖలు, తాని ప్రొఫెషన్స్ వాచక శబ్దాహ ఏ సంతి తైస్సహ దూషక శబ్దస్య కాంబినేషన్ కృత్వా వయం బహువిధ శబ్దాన్ నిర్మాతుం ప్రభవామ. మార్గదర్శనం వర్తతే, మునేః మార్గదర్శనం వర్తతే. మునిదూషకౌ ముని ఇతి స్థానస్య దోషం సంపాదయంతో భవంతో మునిదూషకౌ. ఇదానిం లోకే లోక వ్యవహార సమయే కథాది లేఖన సందర్భే సామాన్య వ్యవహార సందర్భే అస్య అత్యంతం ఉపాదేయత వర్తతే. బహు విస్తృత వ్యాపక ప్రయోగం వయం కర్తుం ప్రభవామః ఏతత్ కాంబినేషన్ స్వీకృత్య. పూర్ణకామః ఇత్యర్థే సకామః ఇతి శబ్దః రామాయణే బహువారం ప్రయుక్తః. యథాహం సర్వభూతానాం ప్రియః ప్రస్థాపితో వనం అద్యేదానీం సకామాస యా మాతా మధ్యమా మమ. ఇదమేకం అత్యంత యోగ్యం స్థానం వర్తతే యత్ర భగవతః రామచంద్రస్య మనుష్యత్వం స్పష్టం ప్రతిపాదితం ప్రదర్శితం భవతి. యతః మనుష్యేషు యాదృశ దౌర్బల్యాని కాలే కాలే క్వచిత్ క్వచిత్ ఘటనా విశేషే సందర్భ విశేషే భవితుమర్హంతి తాదృశ దౌర్బల్యాని తాని సర్వాణ్యపి భగవతః రామచంద్రస్య విషయే మహర్షినా వాల్మీకినా కీర్తితాని సంతి. సర్వేషాం విషయేపి కీర్తితాని సంతి. పూర్ణకామః ఇత్యర్థే సకామశబ్దః రామాయణే బహువారం ప్రయుక్తః. వస్తుతః అత్యంత రుచిరః ఏష ప్రయోగః. కామేన సహితః సకామః ఇతి అర్థః. అత్రాపి యథా ఆత్మవాన్ ఇతి శబ్ద సందర్భే వయం విచారం కృతవంతః తద్వత్ అత్రాపి వస్తుతః కామేన సహితః ఇతి కథనేన కథనే తత్ర తాత్పర్యం నాస్తి. కించిత్ విలక్షణమేవ అత్ర తాత్పర్యం భవతి. నామ ఏకవిధం అధిక్షేపణం భవతి, నిందనం భవతి. నామ యః కశ్చిత్ అస్మాకం విషయే అపరాధ్యతి కించిత్ క్రూరతాం ప్రదర్శయతి తేన చ వయం యదో యదా నితరాం పీడితా భవామః తదానీం వయం కథయామః ఇదానీం యస్య జనస్య కారణాత్ వయమద్య కష్టేషు పతితాః క్వచిత్ కష్టానాం ఆధిక్యే వయం ప్రకటయామః ఇదానీం సహ తృప్తోస్తి. తత్ర తెలుగు భాషాయం ఉచితే వాడి కడుపు చల్లబడింది, వాడి కళ్ళు చల్లబడ్డాయి, ఇప్పుడు వాడి కళ్ళు చల్లగా ఉంటాయి, ఇప్పుడు వాడి కడుపు చల్లబడింది ఇది వయం తెలుగు భాషాయాం వదామః. వ్యవహార భాషాయాం లోక భాషాయాం వదామః. కడుపు చల్లబడుట నామ ఉదరం శీతలమభవత్ అథవా అక్షిణీ శీతలాని ఆ శీతలే జాతే ఇత్యర్థ. పరంతు నాయమర్థ తస్య ఇత్యుక్తే యయా అసూయయా దృష్ట్యా మాంస పశ్యతి స్మ ఈర్ష్యా దృష్ట్యా మాం పశ్యతి అహమద్య తదనురూపం కష్టేషు పతితస్సన్ మహాంతం కష్టం అనుభవామీతి కారణాత్ సహ తృప్తో వర్తతే. ఏతాదృశ అభిప్రాయ భవతి కళ్ళు చల్లబడ్డాయి ఇది ఇడియమాటిక్ తెలుగు యూసేజ్ ఇచ్చస్య. తద్వత్ తత్సమానాకారం తత్సమాన ప్రయోగ రామాయణే దృశ్యతే. అద్యేదాని సకామాస యా మాత మధ్యమా మమ. అద్య ఇదాని సా సకామా వర్తతే. కా యా మా మమ మధ్యమా మాత. యా మమ మధ్యమా మాత నామ కైకేయి. మమ మధ్యమా మాత యా కైకేయి సా అద్య సకామా వర్తతే పూర్ణకామా వర్తతే తస్యాః మనోరథా సర్వే సంపన్నాః సంతి కుతః సీతా రాక్షసేన అపహృతా అపి చ అస్మిన్ క్షణే వా క్షణాంతరే వా భక్షిష్యతే ఏతదేవ సా కామయతే స్మ. ఇది ఏక అత్యంత పవర్ఫుల్ సెంటెన్స్. భవంతా పశ్యంతి ఏకవారం పఠంతు సరళేషు శబ్దేషు కీదృశ ప్రభావస్తత్ర సన్నిధాతితో వర్తతే మహర్షిణ వాల్మీకిన. శబ్దా సర్వే అత్యంత సరళాః. అద్య ఇదానీం సకామా సా యా మాతా మధ్యమా మమ. అత్ర కాఠిన్యం నాస్తి భాషాయా. परन्तु प्रत्येकस्यापि अक्षरस्य महान् प्रभावो वर्तते। तत्र व्याख्याकारः लिखति गोविन्दराजीयः सकामा इति शब्दस्य पूर्णमनोरथा इति लिखति। परन्तु इदं पदस्य पदार्थकथनं बहुदूरं न नयति। पदस्य पदार्थकरणं पदार्थकरणं केवलं मार्गदर्शकं भवति। एतादृशव्यवहाराः स्वयम् अनुभवितव्याः भवन्ति। ते च व्यवहाराः अद्य लोकव्यवहारे तत्समकक्षव्यवहारसन्दर्भं मनसि कृत्य अनुभवितव्याः भवन्ति। तदानीमेव तेषां प्रभावं वयम् अनुभवितुं शक्नुमः। पूर्णमनोरथः इति व्याख्याकारः एतावद्दूरं प्रतिपदस्य विषये लेखितुं न शक्नोति। अतः सकामा नाम पूर्णमनोरथः इति लिखितवान् अस्ति। परन्तु पूर्णमनोरथः इति शब्दापेक्षयापि अधिकम् अत्र अनुभवितव्यं सुमहद्वर्तते। तदर्थं सक्षमम् इदं पदं वर्तते। यादृशश्च व्यवहारः अद्य लोके प्रतिपदं प्रतिक्षणं लोकभाषासु शुद्धो वर्तते। कुत्र ययाहं सर्वभूतानां प्रियः प्रस्थापितो वनम्। सर्वभूतानां प्रियः अहं, भगवान् रामचन्द्रः स्वयं कथयति सः सर्वभूतानां प्रियः। अयोध्यायां न केवलं राजवंशीयानां, न केवलं वणिजां, न केवलम् इतरेषां, परन्तु आपामरम् आपण्डितम् आ च भूतं पशुपक्षिमृगादिपर्यन्तमपि अहं प्रियः आसम्। योऽहं यथाहं सर्वभूतानां प्रियः वनं प्रस्थापितः यया यया मात्रा वनं प्रति प्रेषितः। वनप्रेषणसमये तस्याः तात्पर्यं किं वर्तते? रामः सर्वात्मना नष्टो भवेत् इति या भावना मनोरथा तस्य आसीत्, सः मनोरथः सा कामना अद्य सम्पन्ना वर्तते। यतोहि सीता जीवितेन संशयमापन्ना वर्तते। जीवितेन संशयमापन्ना वर्तते सीता विराधस्य हस्ते। तस्मिन् क्षणे रामचन्द्रे तत् मनुष्यसहजं यत् दौर्बल्यं, तद्दौर्बल्यं मनसि आगतम्, अपि च वचसि अपि महर्षिणा प्रकटीकृतं वर्तते। नो चेत् उदात्तः पुरुषः अपि भगवान् रामचन्द्रः किञ्चित् कैकेयीविषये अत्र किञ्चिदिव परामर्शं करोति, तस्याः किञ्चिदिव निन्दनमपि करोति। अतः अत्र सकामा, अतः यद् अस्य वयं लौकिकसन्दर्भेषु यदि कदाचित् येन केनचित् वयं क्वचित् कष्टे कार्ये नियुञ्ज्येम, तच्च कार्यं सम्पादयन्तः वयं यदा तत्कार्यसञ्चरणसम्पादनसन्दर्भे किमपि अङ्गच्छेदं वा अथवा जीवितसंशयं प्राप्नुमः अथवा काठिन्यमनुभवामः, तदा तेषु सन्दर्भेषु सहजतया अद्य तस्य अधिकारिणः कामाः सकामाः, अद्य सः अधिकारी सकामो जातः इति वक्तुं शक्नुमः। ఏమేవ తెలుగు భాషాయం ఇప్పుడు వాడి కడుపు చల్లబడింది, వాడి కళ్ళు చల్లబడ్డాయి ఇత్యాది వ్యవహార లౌకిక వ్యవహారాః ఇడియమాటిక్ వ్యవహారాః ఏ సంతి తేషు సందర్భేషు అస్య యథోచితం వయం అస్య పదస్య ఉపయోగం కర్తుం ప్రయోగం కర్తుం ప్రభవామ భృత్తి ఇత్యర్థే ప్రాయః ప్రేష్యః ఇతి శబ్దః బహుషు కావ్యేషు బహుషు ప్రామాణిక గ్రంథేషు ప్రసిద్ధ వర్తతే। లౌకిక సాహిత్యే అపి రామాయణాది ఇతరత్రాపి వర్తతే। అతః అయమపి శబ్దః పర్యాయ రూపేణ సర్వత్ర భృత్తే ఇతి శబ్దస్య ప్రయోగాపేక్షయా ప్రేష్యః ఇతి। భగవాన్ హనుమాన్ వదతి సుందరకాండేపి నచ నఖలు ఉత్తమాః జనాః ప్రేష్యంతే ప్రేష్యంతే చ ఇతరే జనాః ఇతి। ఆత్మానం రావణస్య సకాశే అహం సామాన్యః కశ్చిత్ రామస్య దర్బారు మధ్యే సామాన్యజనః అస్మి, అత ఏవ ప్రేషితః ఏతత్ కార్యం సంపాదయితుం, ఉత్తమజనాస్తు న ప్రేష్యంతే ప్రేష్యంతే ఇతి ఇతరే జనాః ఇత్యపి వ్యవహారః। సనాథైవ భూతానాం నాథస్త్వం వాసవోపమః మయా ప్రేష్యేణ కాకుత్స్థ కిమర్థం పరితప్యసే ఇతి కథయతి। ప్రేష్యేణ మయా ప్రేష్యేణ ఇది కథయతి। ప్రేష్య ఇది శబ్ద भृत्यः इत्यर्थे प्रसिद्धः प्रेषयितुं योग्यः इति यः अवर एव कश्चित् जनः प्रेष्यते खलु अतः अत्र आङ्ग्लभाषायां किञ्चित् सबार्डिनेट् इत्यादि इत्यादि सन्दर्भे प्रेषयितु भृत्य इत्येव आयाति परन्तु सबार्डिनेट् आफीसर् इति कथयामः खलु तादृशसन्दर्भेष्वपि नूतनपदनिर्माणसन्दर्भे प्रेष्य इति शब्दं योजयित्वा प्रेष्याधिकारी अधिकारी परन्तु अन्येन कश्चित् प्रेषयितुं योग्यः प्रेष्य केडर् मध्ये अधिकारी इत्यर्थः सबार्डिनेट् आफीसर् इति कथयामः इदानीम् आङ्ग्लभाषादिभ्यः लोकभाषाभ्यः संस्कृते अनुवदनसमये एतेषां सर्वेषां सुनिश्चितपदानाम् आवश्यकता वर्तते तादृशसन्दर्भेषु किञ्चित् बुद्धिं व्यापारयितुं वयं प्रभवामः एतादृशः एकः शब्दः वर्तते यः सबार्डिनेशन् इत्यर्थे प्रयोक्तुं शक्यते पापचेतसम् इति पदः इति शब्दः तं रामः प्रत्युवाचेदं कोपसंरक्तलोचनः राक्षसं विकृताकारं विराधं पापचेतसं पापात्मकं यस्य चेतः सः पापचेतसः तं पापचेतसम् इति प्रयोगः अत्र वर्तते सीतापहरणरूपं पापं यदस्ति तत्र यस्य मनः वर्तते इत्यर्थः अहं काम्बिनेशन् वर्ड्स् इति कथयामि खलु तत्र एतादृशचेतसः इति शब्देन सह पापचेतसः पुण्यचेतसः धर्मचेतसः कर्मचेतसः इत्यादि भिन्नभिन्नपदानि वयं संयोज्य तेभ्यस्तेभ्यः पदेभ्यः विभिन्नानां व्यावहारिकाणाम् अर्थानां निष्पत्तिं कर्तुं प्रभवामः अथवा यथातथमपि प्रयोक्तुं शक्नुमः कश्चित् बस् याने यदा काचित् कन्या गता कश्चित् किञ्चिदिव विलक्षणतया दृष्ट्या कश्चित् पुरुषः तां पश्यति अद्यत्वे बहु अत्यन्तसहजं सिद्धम् एतत् सरलञ्च जातं तदानीं तादृशसन्दर्भेषु किञ्चित् कथादीनां लेखनसन्दर्भे वयं कश्चित् पापचेतसः पुरुषः तया बस्यानस्य अनन्तरपार्श्वे उपलक्षितः आसीत् नाम यस्य चेतसि पापं सन्दृश्यते अनुभूयते नाम तस्य इन्टेन्शन् किमपि तस्य पुरुषस्य सन्दर्शनमात्रेण अस्य मनसि किमपि पापचिन्तनं वर्तते इति कदा कदाचित् अभ्यूहः आदावेव भवति पुरुषान्तरस्य तादृशवर्णनादिसन्दर्भे एतादृशानि पदानि उपकारकाणि भवन्ति व्यात्ताननः इति स विनद्य महानादं शूलं शक्रध्वजोपमं प्रगृह्याशोभत तदा व्यात्तानन युवान्तकः राक्षसः किञ्चित् उच्चैः नादं कृत्वा किमपि तदानीं सः कथं वर्तते इत्युक्ते व्यात्त आननः अन्तकः मृत्युः इव वर्तते व्यात्त आननः इति शब्दः अतीवसुन्दरशब्दः वयं कथयामः मृत्युदेवत नोरुदिरुचुकुनि वच्चिनट्टुगా అనిపించింది వాడి దగ్గరికి వస్తున్నప్పుడే మృత్యుదేవత నోరుదిరుచుకుని వస్తున్నట్టుగా అనిపించింది ఇత్యాది లోక వ్యవహారేషు తెలుగు ఇత్యాది భాషాసు ఫ్రేజ్ ద్వారా ఏక పద సముదాయస్య ప్రయోగం వయం అభినవ గ్రంథేషు పశ్యామః తాదృశేషు సందర్భేషు వ్యాత్తాననః వ్యాత్తాననః ఇత్యుక్తే ఇవ అంతకః ప్రసారిత వదనః వ్యాత్తాననో व्याघ्रः मृगान् अनुधावति इत्यादि व्याप्ताननस्सन् उपरिपतितः इत्यादि क्वचित् क्वचित् सन्दर्भे उद्घाटितविवृतवदनः उद्घाटितमुखः इत्यस्मिन् सन्दर्भे व्यात्त इति पदं महर्षिणा प्रयुक्तं वर्तते अतः व्यात्तम् आननं यस्य सः व्याप्ताननः सः व्याप्ताननो मृत्युरिव मत्समीपमागतः इति काचित् कन्या विप्रकारिणं पुरुषम् अधिकृत्य वक्तुं शक्नोति तस्याः भावलेखनसन्दर्भे व्याप्ताननो मृत्युरिव मत्समीपम् आगच्छन् आसीत् इत्यादि वर्णनं वयं कुर्मश्चेत् प्रभावशाली भवति चिन्तनीयम् अहं केवलं स्थूलतया प्रतिपादयामि बुद्धिः तत्र व्यापारणीया वर्तते परन्तु पदप्रयोगः अत्यन्तसबलमिदं பதம் எஸ் பிரயோக அத்தியந்தம் சோபாம் சம்பாதயத்து லேகனஸ் வியாத்தான நமஸ்தே இது கதையாம பிராய வயம் நமஸ்தே இது கிரீட்டிங் குர்ம நமஸ்தே இது பிரயோக அப்படி தத்திர வர்த்தது மாம் ரிக்ஷா பக்ஷயிஷ்யந்தி சார்தூல த்வீபினஸ்ததா மாம் ஹரோத்ஸ்ருஜ காகுத்ஸ்தௌ நமஸ்தே ராட்சசோத்தம யதா சீதாம் அபஹ்ருத்ய ராமலக்ஷணோ ஹஸ்தேன ஸ்வீகிருத்தவான் விராத ததானிம் சீதா கதையதி கதமபி மாம் ஸ்வீகரோத் உத்ஸ்ருஜ காகஸ்தௌ மாம் ஹர உத்ஸ்ருஜ காகுத்ஸ்தௌ ராமலக்ஷ்மணோ பரித்யஜ தத்ஸ்தானே மாம் பவான் பக்ஷயது நமஸ்தே ராட்சசோத்தம இது நமஸ்தே சப்தம் சாமான்ய பிரயோக ஸ்வப்ரம் இது ஏகம் பதம் வர்த்ததே கிஞ்சித் விசிஷ்டார்த்தே பிரயுக்தா கர்த்தஹ இத்யர்த்தே ஏதத் பதம் ராமாயணே பஹுவாரம் ஆகச்சதி பவத்சு ஏ குசலாஹ சந்தி அன்வேஷணே இண்டெக்ஸ் அன்வேஷணே அன்வேஷணம் குர்வந்தி சேத் கதிவாரம் ஸ்வப்ரம் இது பதம் ஆகதம் இது மம திருஷ்டவு சந்திரமண்டலே யதா நீல் ஆர்ம்ஸ்டார்ங் இத்யாதயஹ கதாஹ தத்ர கிமபி ஆங்கிலபாஷாயாம் ஏகம் பதம் உச்சதே மகான் கர்த்தஹ இது கிரேட்டர் இது ஏகம் பதம் பிரயுஜ்யதே கலு சந்திரமண்டலே பஹு விசாலம் ஏகம் கிரேட்டர் ஆசீத் உபலக்ஷ்யதே இத்யாதி இத்யாதி வயம் கதையாம தஸ்ய சமானார்த்தக பத பிரயோக சம்ஸ்கிருதே கஹா இத்யுக்தே ஸ்வப்ரம் பவிதும் இது அஹம் சொல்லு கிரேட்டர்ஸ் பூமாவப்பி சந்தி கிரேட்டர்ஸ் இது கதையந்தி ஹா தத்ர இதம் பதம் சமான சமானார்த்தகம் இது அஹம் விபாவயாம் ஏவம் சந்தர்ப்பவசாத் அன்வேஷணீயம் இது மம விசார கதம் இத்யுக்தே குஞ்சரஸ்யேவ ரௌத்ரஸ்ய ராட்சசஸ்யாஸ்ய லக்ஷ்மண வனேஸ்மின் சுமஹத் ஸ்வப்ரம் கன்யதாம் ரௌத்ரகர்மண ரௌத்ரகர்மண அஸ்ய ராட்சசஸ்ய ரௌத்ரஸ்ய குஞ்சரஸ்ய மஹதஹ கஜஸ்ய இவ அபேக்ஷித பூமௌ ஸ்தாபனார்த்தம் அபேக்ஷிதஹ இவ ஏகஹ ஸ்வப்ரம் கன்யதாம் ஸ்வப்ரஹ ஏக விராத விராதம் சம்ஸ்தாபயிதும் சாமான்ய கர்த்தஹ பர்யாப்தோ ந பவதி அத்தஹ ஸ்வப்ரஹ ஏவ கன்யதாம் இதி வததி தத்ர விராதம் தே சம்ஸ்தாபயந்தி விராத சரீரம் தத்ர ஸ்தாபயந்தி ராமாயணே கதா வர்த்தது விராத பிரகரணம் இது வனேஸ்மின் சுமஹத் ஸ்வப்ரம் இது கதாச்சித் மஹத் ஸ்வப்ரம் லார்ஜர் கிரேட்டர் லகு ஸ்வப்ரம் ஸ்மாலர் கிரேட்டர் இத்யாதி பதேஷு கர்த்தாதி அன்ய சித்த பதாபேக்ஷையா இதம் பதம் ஊச்சி யோக்கியதரம் இது மன்யே அத்தஹ இதம் ஏகம் ஸ்வப்ரம் ஸ்வப்ரம் இது கதையந்தி ஏதத் பிரயோகஹ அத்ர திருஷ்யதே ஸ்வப்ரம் நாம மகான் கஷ்டன கர்த்தஹ யத்ர கிஞ்சித் பிருஹதாகாரம் வஸ்து சம்ஸ்தாபயிதும் சக்யதே அனுபஸ்தீயமானஹ ததா பிரகிருதிமாபன்னோ பவன் பவான் ஸ்வர்க்கம் கமிஷ்யதி இதி வைஸ்ரவணோ ராஜா ரம்பாசக்தம் புராணக அனுபஸ்தீயமானோ மாம் சங்க்ருத்தோ வியாஜஹாரஹ தவ பிரசாதான் முக்தோஹம் அபிஜாபாத் சுதாரணாத் வசுதா விராதஸ்ய சாபஹ வர்த்ததே ச ஏக கந்தர்வ ஆசி சஹ ரம்பாசக்த ஆசி ரம்பாசக்த சன் ஸ்வகீய கர்ம யத் கர்ம தாயித்வ ரூபேண சம்ப்ராப்தம் வர்த்ததே தத் கர்ம சஹ ந ஆச்சரதி ஸ்ம நாட் ப்ராப்பர்லி டிஸ்சார்ஜிங் ஒன்ஸ் ஓன் ட்யூட்டீஸ் இத்தத்ர ஏகஹ சப்தஹ ராமாயணே வர்த்ததே அனுபஸ்தீயமானஹ இதி யஸ்ய பதே யஸ்ய தாயித்வே சஹ நியுக்தஹ இந்திரேண வைஸ்ரவணேன குபேரேன தத் காரியம் சஹ சம்யக் ந கரோதி ஸ்ம கேன காரணேன ரம்பாயாம் ஆசக்தியா ஹி வாஸ் நெக்லெக்டிங் ஹிஸ் டியூட்டீஸ் அத்யந்தம் அபேக்ஷித வியாபாரிகா ஏஷ சப்தா अनुपस्थीयमानः इति। अतः अनुपस्थीयमानो अनुपस्थीयमानं माम् संक्रुद्धो व्याजहारः इति शापं दत्तवान् विराधरूपेण भूमौ पुत्रः इति। अनन्तरं शापस्य मोचनमपि यदा भगवान् रामचन्द्रः स्वकीय त्वां मारयित्वा मारयति तदानीं स्वर्गं भविष्यति इति तत् प्रकरणे कथा तु ज्ञातपूर्वैव। तदा प्रकृतिमापन्नो भवान् स्वर्गं गमिष्यति। यदा रामचन्द्रेण हतो भविष्यति तदा भवान् स्वप्रकृतिं प्राप्तवान्। प्रकृतिर्नाम सहजसिद्धां स्थितिं प्राप्य स्वर्गं गमिष्यति इति शापावसानं कुबेरेण दत्तं वर्तते इति। अनुपस्थीयमानं मां संक्रुद्धो व्याजहारः इति अत्र अनुपस्थीयमानम् इत्युक्ते तिलके व्याख्याने वर्तते अवसरे असेव्यमानः। असेव्यमानः असेवमानः स्यात्। अवसरे असेवमानः यस्मिन्नवसरे येन पुरुषेण येन प्रकारेण सेवा सम्पादनीया वर्तते तस्मिन्नवसरे तेन पुरुषेण तथा सेवा न सम्पादिता चेत् असेवमानः अनुपस्थीयमानः इत्यर्थः। एषः अस्माकं कार्यालयादि प्रकरणेषु भिन्नभिन्नसन्दर्भेषु एतत् पदं वयं व्यवहारे पुनः प्रयोक्तुं शक्नुमः। तत्र वनगोचर इति शब्दः वनवासिनः इत्यर्थे वनगोचराः इति शब्दः भूयो भूयः रामायणे प्रयुक्तः। नाम ये वने उत्पद्य वने एव जीवन्ति वने एव तेषां जीवनं व्यापितं भवति ते वनगोचराः इति उच्यते। इसोपि कश्चन शब्दः वनगोचराः वनमात्रनिवासिनः इति गोविन्दराजीये। एवमेव एतत् काम्बिनेशन् स्वीकृत्य जलगोचरः जले एव निवसन्ति ये प्राणिनः ते जनगोचराः नगरगोचराः ग्रामगोचराः इत्यादि काम्बिनेशन्स् वयं कर्तुं प्रभवामः। अब्रवील्लक्ष्मणं रामो भ्रातरं दीप्ततेजसं। रामः लक्ष्मणम् उक्तवान् कष्टं वनमिदं दुर्गं कष्टं वनमिदं दुर्गं गन्तुं दुश्यकं महारण्यमेतत् गन्तुम् अशक्यं न च स्म वनगोचराः वयमपि न वनगोचराः न स्मः। यदि वयं वनगोचरा भवेम तर्हि कष्टे अपि वने वयं यथेच्छं गन्तुं प्रभवामः। परन्तु अत्र वनगोचरः इत्युक्ते वने सरलतया प्राप्तव्यदेशप्राप्त्यर्थम् अपेक्षितं सामर्थ्यं येषां वनवासिनां भवति तादृशा वयं न स्मः इत्यर्थः। कष्टं वनमिदं दुर्गम् एकतः इदं वरं दुर्गं वस्तुतः अत्र अन्यदेकं व्यावहारिकं पदं वर्तते कष्टम् इति पदं। तस्य अर्थः कष्टम् इत्युक्ते कष्टमिति न, तत् आदौ एक फ्रेस् एक इडियं रूपेण प्रयुज्यते कष्टं वनमिदं दुर्गं। वनमिदं दुर्गम् इति कष्टं। वयं स्म न च स्म वनगोचराः वयं वा वनगोचराः न स्मः। वनं वा सुगमं नास्ति वनं वा सुगमं नास्ति वयं वा वनगोचराः न स्मः। कष्टं दुर्गं वनं वयमपि राजधानीत आगताः राजकुमाराः न तु वनगोचराः। तेन कारणेन काठिन्यम् अनुभवामः इति तत् पदसन्निवेशे वाक्ये किमपि सौन्दर्यं वर्तते। तत् रामायणे इदमेव सौन्दर्यम्। अत एव व्यावहारिकी भाषा सा लोकभाषा व्यावहारिकी भाषा सा वर्तते अत्यन्तप्रभावशालिनी भाषा वर्तते तेजस्विनी ओजस्विनी अपि च सनातनी भाषा वर्तते सहजसिद्धा भाषा वर्तते। रामायणभाषायां कुत्रापि कृत्रिमतां नानुभवामः। यथा भगवान् रामचन्द्रः अस्माकं पुरस्तात् एवमेव व्यवहरतीव वयम् अनुभवामः। अस्य वाक्यस्य श्रवणसमये वयं रामञ्च लक्ष्मणञ्च द्रष्टुं प्रभवामः। अस्माकं मनसि उभयोः चित्रमेव आयाति अब्रवीर लक्ष्मणं रामो भ्रातरं दीप्त तेजसं कष्टं वनमिदं दुर्गं नचस्म वनगोचराः नचस्म इत्यत्रापि सौन्दर्यं वर्तते नचस्म वनगोचराः अतः नचस्म वनगोचराः इति एकं फ्रेज रूपेण स्वीकृत्य वयं वन इति स्थाने लोक इति वा नगर इति वा महानगर इति वा कष्टं दिल्लीनगरं दुर्गमं दिल्लीनगरं वयं वा ग्रामगोचराः वयमपि ग्रामगोचराः दिल्लीमहानगरम् अतीव सुविशालम् अतीव निबिडं वर्तते वयम् अस्माकं तु ग्रामगोचरत्वं वर्तते अतः आनुरूप्यं नास्ति इत्यादि सन्दर्भेषु किञ्चित् उपयोक्तुं शक्यते विश्रुतस्त्रिषु लोकेषु यशसा विक्रमेण च पितृव्रतस्त्वं सत्यञ्च त्वयि धर्मश्च पुष्कलः पुष्कलः इति शब्दः किञ्चित् योग्यशब्दः धर्मः पुष्कलो वर्तते एषः प्रयोगः तेलुगुभाषायां लोकव्यवहारेपि इदानीमपि सिद्धो वर्तते ఆ చెరువులో నీళ్లు పుష్కలంగా ఉన్నాయి నమ అపేక్షిత ప్రమాణేన సంపూర్ణ ప్రమాణేన పూర్ణ ప్రమాణేన అస్తి ఇత్యర్థే పుష్కల శబ్దః కిమపి ఇడియం తత్ర వ్యవహారే అతిశయత నాస్తి పరంతు కేషు కేషు సందర్భేషు అయం ఉపయోక్తుం శక్యతే ఇతి కించిత్ విచారయితుం ప్రభవామ కోశే పుష్కల శబ్దో వర్తతే అప్రసిద్ధ కోపి శబ్దో నాస్తి पितृव्रतत्वं सत्यञ्च त्वयि धर्मश्च पुष्कलः अतः तादृशप्रयोगसामर्थ्यं स्वीकृत्य यस्मिन् पुरुषे एते गुणाः सर्वेपि पुष्कलास्सन्ति समानप्रमाणेन योग्यप्रमाणेन परिपूर्णप्रमाणेन सन्ति इत्यस्मिन्नर्थे वयं पुष्कलशब्दं प्रयोक्तुं शक्नुमः तिलके अङ्गहीनोऽपि सकलाङ्गपूर्णः भवति इत्यर्थः పుష్కలః అత్యధికః ఇత్యర్థః గోవిందరాజీయే బ్రాహ్మణ భూయిష్ఠః ఇతి ఏకః ప్రయోగః దృశ్యతే ఇదమపి కాంబినేషన్ వర్డ్ కృతే అహం స్వీకృతవాన్ అస్మి అనయా దృష్ట్యా అహం అధ్యయనం కుర్వాణః సోయం బ్రాహ్మణ భూయిష్ఠో వానప్రస్థ గణో మహాన్ త్వన్నాథో నాథవద్ రామ రాక్షసైర్ వధ్యతే భృశం బ్యూటిఫుల్ శ్లోక అయం బ్రాహ్మణ భూయిష్ఠ వానప్రస్థ గణ వానప్రస్థాశ్రమిణాం గణ మహాన్ త్వన్నాథ రామయేవ తేషాం నాథ యతో హి రాజా రామః రామః రాజా వర్తతే అనాథవత్ రామ నాథయేవ నాస్తి ఇతివత్ రాక్షసైర్ భృశం వధ్యతే ఏషః మహాన్ వానప్రస్థ గణ బ్రాహ్మణ భూయిష్ఠో గణ రాక్షసైః అనాథవత్ మార్యతే పరంతు త్వన్నాథః భవానేవ నాథః వయం అనాథా ఇవ వధ్యామహే ఇత్యుక్తే పరోక్ష విధయా స్మారయతి త్వదీయం కర్తవ్యం భవాన్ నకరోతి అక్షరం భవతః కర్తవ్యం ఇత్యర్థః త్వన్నాథత్వే సతి అనాథవత్ అస్మాకం మరణం న భవేత్ ఇతి కథనస్య ఏకం సౌందర్యం త్వన్నాథః त्वमेव नाथः येषाम् अथवा यस्य गणस्य सः वानप्रस्थगणः त्वन्नाथः कथं मन्यते अनाथवत् गण्यते इदं भवतः यशसे न भवति अतः किमपि भवता एतत् राक्षसाणाम् उपमर्दनं करणीयम् इति तेषां प्रार्थना वर्तते प्रत्येकस्मिन् श्लोके रामायणे वैचित्र्यं सौन्दर्यं वर्तते अद्भुतं तत् अतः तत्र కాంబినేషన్ వర్డ్స్ ఇది కథయామి ఖలు బ్రాహ్మణ భూయిష్ట నామ బ్రాహ్మణా అత్యధిక సంఖ్యయా ఎత్ర సంతి భూయ బ్రాహ్మణ భూయిష్ఠో గ్రామ క్షత్రియ భూయిష్ఠో గ్రామ పటేల్ భూయిష్ఠో గ్రామ వనవాసి భూయిష్ఠం భూయిష్ఠో దేశ అనుసూచిత జాతీయ భూయిష్ఠ దేశ ఏం పటేల్ భూయిష్ఠో గ్రామ నామ ఎస్మిన్ గ్రామే పటేల్ जाति जनाः अत्यधिकप्रमाणेन सन्ति. भूयिष्ठः इति कथनेन अन्ये सन्ति इति तु आयाति, मेजारिटी तेषाम् इति. इदानीम् एलेक्षन् मध्ये एते असेम्ब्लीस् विधानसभानां किञ्चित् पत्रेषु समाचारपत्रेषु एतत् कान्स्टिट्युयन्सि पटेल् कान्स्टिट्युयन्सि चौधरी कान्स्टिट्युयन्सि रेड्डी कान्स्टिट्युयन्सि इति कथयन्ति खलु, तथा विश्लेषणं भवति खलु. अतः तत्र रेड्डिजनमेव स्थापयन्ति स्पर्धिरूपेण. नाम तादृशसन्दर्भेषु किमपि ब्रीफिङ्ग् अस्माभिः लेखनीयं चेत् तत्र यस्मात् असौ नियोजकवर्गः रेड्डिभूयिष्ठः तस्मात् काङ्ग्रेस् पक्षः अथवा जनतापक्षः उभावपि रेड्डिजनमेव प्रतिस्पर्धिनं संस्थापितवन्तौ इति लेखितुं शक्यते. लोके व्यवहारार्थम् उपयोगः अत्र वर्तते. विप्रकारः इति शब्दः एकः विलक्षणः वर्तते. एवं वयं नमृष्यामो विप्रकारं तपस्विनां क्रियमाणं वने घोरं रक्षोभिर्भीमकर्मभिः. भीमकर्मभिः रक्षोभिः वने घोरतया घोररूपेण क्रियमाणम् एतद् विप्रकारम्. विप्रकारः नाम किञ्चित् तत्र व्याख्याकाराः विप्रकारं दुःखमिति एकः लिखति, विप्रकारं विहिंसनमिति एकः अन्यः लिखति, विप्रकारं निकारमिति एकः लिखन्ति. इत्युक्ते विप्रकारशब्दस्य एक स्वीपिङ्ग् अर्थो वर्तते. यद्यत् कर्म प्रतिकूलकर्म भवति तत्सर्वं सम्भूय विप्रकारः भवति. विप्रकृतः पन्नगः फणां कुरुते इति कालिदासः कथयति. ज्वलति चलितेन्धनोऽग्निः विप्रकृतः पन्नगः फणां कुरुते प्रायं स्वं महिमानं क्षोभात् सम्पद्यते हि जनः इति शाकुन्तले वर्तते. विप्रकृतः पन्नगः इत्युक्ते कोऽर्थः, सर्पस्य किञ्चिद्वयं विप्रकारं कुर्मः, माने दट् ईस् एक्चुअलि एक अन्वयशब्दः वर्तते राङ्ग्ड् इति शब्दः, ऐ हव् बीन् राङ्ग्ड् इत्यादि आङ्ग्लभाषाप्रयोगाः सन्ति. नाम वस्तुतः विप्रकारः इत्युक्ते ताडनमिति न, दुःखं सम्पादनमिति न, इन्सल्ट् अपि विप्रकारः. सर्वं सम्भूय एकस्य जनस्य यद्यत् प्रातिकूल्यं भवति, एकस्य जनस्य यद्यत् कर्म प्रतिकूलं भवति तत् कर्म सामान्यं विप्रकारः इत्युच्यते. गच्छतः सर्पस्य किञ्चित् दण्डेन इतस्ततः करणं विप्रकारः. डिस्टर्बिङ्ग् अण्ड् अटाकिङ्ग् तेन सह फनः पन्नगः फणां कुरुते, झटिति फणां करोति, नो चेत् भवान् विप्रकारं न करोति चेत् सहजतया ते गच्छन्ति. सामान्यतया सर्वे अपि जन्तवः विप्रकृता एव हिंसन्ति, अविप्रकृतास्तु न हिंसन्ति, ते स्वकीयस्वभावसिद्धप्रवृत्तौ भवन्ति. तद्वत् अत्र अत्यन्तयोग्यः एषः प्रयोगः. एवं वयं नमृष्यामो विप्रकारं तपस्विना, ये अन्यान्यविधया तपस्विनां यत् प्रतिकूलाचरणं, क्वचित् मारणं, क्वचित् अग्नेः उपशमनं, क्वचित् हिंसनं, क्वचित् दूषणं, क्वचित् शौर्यकरणं, क्वचित् स्त्री अपहरणं, क्वचित् तापसस्त्रीणामुपरि आयुक्ताचरणं, सर्वमेतत् सम्भूय विप्रकारः भवति. किं यत्किञ्चिद्विधमपि भवितुमर्हति तत् प्रतिकूल आचरणम्. एतादृशं विप्रकारं वयं नमृष्यामः, इतः परं नसहामहे इति तापसाः भगवन्तं रामचन्द्रं प्रार्थयन्ति. अतः विप्रकारशब्दोऽपि अत्यन्तप्रयोगे अपेक्षितः अत्यन्तसबलः शब्दः. एवम् अकुतोभयाः इति, इदं तु अकुतोभयशब्दस्तु प्रसिद्धः एव, लौकिकसाहित्ये बहुत्र वर्तते. इममाश्रममागम्य मृगसङ्घा महीयसः அகத்வா பிரதிகச்சந்தி லோபயித்வா அகுதோபயா. அகுதோபயா குதச்சிதபி பயம் எத்திர நாஸ்தி தத்திர அகுதோபயா. நாம கதாவா அஸ்மின் அஸ்மாக்கம் பாரதே தேசே நார்யா அகுதோபயா பவேயு. தாதுசேசு சந்தர்ப்பேஷு விலக்ஷண சமாசஹ ஏஷ அகுதோபயாஹ இது. குதச்சித் பயம் குதோபயம், குதச்சித் பயம் குதோபயம், நவித்யதே குதச்சிதபி பயம் யஸ்மின் யஸ்யா சஹ அகுதோபயா. தஸ்ய நவா பித்ருசகாசாத் பீதிஹி நவா மாதுருசகாசாத் பீதிஹி நவா பயம் நவா ராஜசகாசாத் பயம் நவா பிராச்சாரிய சகாசாத் பயம் நவா குலபதி சகாசாத் பயம் அகுதோபயா. ஆசிரமே மிருகாஹ அகுதோபயா பவந்தி, அதையவ சகஜதையா சஞ்சரந்தி. குதஹ தத்ர சிசுரபி தான் மிருகான் நஹிம் நஹினஸ்தி, யஜமானஹ அபி நஹினஸ்தி, மாதா அபி நஹினஸ்தி, தாபச கன்யகாஹ அபி நஹிம்சந்தி. இது காரணேன அகுதோபய வாதாவரணம் தத்ர வர்த்ததே. அத்ய பாரதே தேசே நாரீணாம் அகுதோபய வாதாவரணம் நாஸ்தி. சாதுக சந்தர்ப்பேஷு உத்தமமிதம் பதம் பிரயோகார்ஹம் வர்த்ததே. பிரியதரிசனாக இதம் அஹம் ஆதாவேவ உக்தவான். பிரியதரிசனாக இது காம்பினேஷன் வேர்ட். குரூரதரிசனாக இத்தபி கைகேயி சந்தர்ப்பே பிரயுக்த மந்தரா குரூரதரிசினி இது கதையதி. தத்வத் பிரிய குரூர ஸ்னேஹ மதுர இத்தியாதி குண வாசக சப்தானாம் சர்வேஷாம் தரிசன சப்தேன சக யோஜனம் கிருத்வா மதுர தரிசன குரூர தரிசன பாப தரிசன புண்ணிய தரிசன யஸ்ய தரிசனேனைவ புண்ணியம் ஜாயதே. ஏதாதுஷு பஹவோ சப்தாஹ பஹவஸ் சப்தாஹ அஸ்மாபிஹ நிர்மாதும் சக்யந்தே. தீர்க்க தரிசினி இது வர்த்ததே. கைகேயாஸ்து சுசம்பன்னம் க்ஷிப்ர மத்யேவ லக்ஷ்மண யா நதுஷ்யதி ராஜ்யேன புத்ரார்த்தே தீர்க்க தரிசினி. கைகேய்யா நிந்தனம் பகுவாரம் அரண்யகாண்டே ராமேண கிருதம் வர்த்ததே. யாவததிகம் யதா யதா க்ளேஷஜாதம் அனுபவதி ஸ்ம ததா ததா கங்கே கைகேயீம் நிந்ததி ஸ்ம யத்யபி அயோத்யாகாண்டே நிந்தனம் ந கிருதவான். ஸோ பிதுஹு ஆஜ்யாம் ஸ்வீகிருத்ய ஆகதா ததேவ தத் ராமாயணஸ்ய சௌந்தர்யமபி தத்ரேவ வர்த்ததே. யத்யபி பகவத் அவதாரோ வர்த்ததே, ஸ்ரீராமச்சந்திர மரியாதா புருஷோத்தமோ வர்த்ததே, மகான் வீரஹ வர்த்ததே, ததாபி மனுஷ்ய சித்தாஹ சஹஜ மனுஷ்ய சித்தானியானி சஹஜ தௌர்பல்யானி தேஷாம் விஷயபூதோ பவதி. கைகேய்யாஸ்து சுசம்பன்னம் க்ஷிப்ரம் அத்யேவ லக்ஷ்மண. கதாச்சித் சீதாயாஹ வா கஸ்யசித் புனஹ கபந்த பிரகரணம் ஸ்யாத். யா நதுஷ்யதி ராஜ்யேன புத்ரார்த்தே புத்திரஸ்ய கிருதே ராஜ்யேன யா நதுஷ்யதி. யதி பரதாய ராஜ்யமேவ தேயம் பரதஹ ராஜா ஸ்யாதித்யேவ தஸ்யாஹ காமனா ஸ்யாத் தர்ஹி பரதஹ அபிஷிச்யதாம் இத்யேவ வரம் பர்யாப்தம். ராமஸ்ய வனவாசகமனஸ்ய வரத்வேன வரத்வேன ஸ்வீகாரஸ்ய அபேக்ஷா நாஸ்தி. அதஹ சா வததி யா நதுஷ்யதி ராஜ்யேன புத்ரார்த்தே ராஜ்யேன சா துஷ்டா நாஸ்தி புத்ரஸ்ய கிருதே ராஜ்யேன சா துஷ்டா நாஸ்தி பரந்து ராமஹ சர்வாத்மனோ நஸ்யேதிதி சத்தஸ்யாஹ சந்தோஷ விஷயா. அதேவ தீர்க்கதரிசினி தூரம் பசியதி சா, தூரம் பசியதி சா கதாச்சித் ராமஹ பிரதி ஆகத்ய ராஜா பவேத். அத்தா ராமஸ்ய சர்வாத்மன வனவாசம் குர்மஸ்சேத் தண்டகேஷு பிரேஷயாமஸ்சேத் ராமோ வா சீதா வா தத்ரைவ நஷ்டா பவேயு இத்யேதாவத் பர்யந்தம் தஸ்யாஹ காமனா வர்த்ததே. அத்தா தீர்க்கதரிசினி சுதூரம் பசியதி சா புனஹ நைவ ஆகச்சேத் ராமஹ பஸ்யாத் இதி தாவத் தூரம் சிந்தயித்வா வராந்தரேண ராமஸ்ய வனப்பிரஸ்தானமபி சா அங்கீகிருதவதி இதி அத்ர வததி. கைகேய்யாஸ்து சுசம்பன்னம் கைகேய்யாஹ சங்கல்பஹ இதானீமேவ சம்பன்னஹ குதஹ சீதா அபஹృதா வர்ததே கபந்தேன வா விராதேன வா பிரகரணம் திரஷ்டவ்யம். அத்யைவ லக்ஷ்மண யா நதுஷ்யதி ராஜ்யேன புத்ரார்த்தே தீர்க்கதரிசினி. தீர்க்கதரிசினி இதி ஏகம் பதம் சுதூரம் யுகரச்சனாம் யா புருஷா கரோதி, சுதூரம் குரூரச்சிந்தனம் வா குரூர யோஜனாம் வா கரோதி, உத்தம யோஜனாம் வா கரோதி, உபயத்ராபி தீர்க்க தரிசிதா இது தூ வர்த்ததே சகஜசித்தமேவ. பரந்து தாதுஷ சகஜசித்த பத சாஹாய்யேன சமத்காரம் ஜனயதி மகர்ஷிஹி வால்மீகி. குரூரதரிசினி பிரியதரிசன ஆகத்தம் கலு பர்த்தா தசரதோ யஸ்யாஹ சாதுஷ்ச பரதசுதஹ கதன்னு சாம்பா கைகேயி தாதுஷி குரூரதரிசினி. பர்த்தா தசரதோ யஸ்யாஹ சாதுஷ்ச பரதசுதஹ குதஹ பரதசதுஷஹ சாது சுதஹ பவித்துமேவ நார்ஹதி கதன்னு சாம்பா கைகேயி தாதுஷி குரூரதரிசினி ஜாதா இது க்ரூரகர்ம போதன கர்த்ரி. கோவிந்தராஜே க்ரூரகர்ம போதன கர்த்ரி இது வியாக்யானம் வர்த்ததே. க்ரூரதரிசினி தரிசன சப்தேன சக காம்பினேஷன் வேர்டு பஹு பஹு நிர்மாதும் சக்யதே. ஹீனார்த்தஹ இது ஏக சப்தஹ வர்த்ததே. க்ஷுத்ர திக்த்வாம் து ஹீனார்த்தம் மிருத்யு மன்வேஷசே த்ருவம் ரணே சம்ப்ராப்ஸ்யசே திஷ்ட நமே ஜீவன் கமிஷ்யசி. கபந்த பிரகரணம் சாதித்து மன்னே சத்தியம் விராதசியது பிரகரணம் ஜாத்தமேவ அனந்தரம் கலு கபந்த. க்ஷுத்ர திக்த்வா ஹீனார்த்தம் ஹீனார்த்தா இது சப்தா அத்தியந்த சுயோக்யா. தத்ர திலக வியாக்யானே பரதாராஸ்பரிஷ லக்ஷண ஹீன கர்ம கரம் இத்தர்த்த. ஹீனா நீச்சா அர்த்தா பிரயோஜனம் யஸ்ய ஹீனார்த்தா பரதாராபிமரிசரூப நீச்சகர்மகர்த்தா இத்தியர்த்தே ஹீனார்த்தா. இது கோவிந்தராஜீய தூ தியக்தா ஹீனா நாம தியக்தா ஹ ஓஹா தியாகே இது தாது கலு அத்தா ஹீனா தியக்தா அர்த்தா புருஷார்த்தா ஏன நாம புருஷார்த்த ஹீனா ஹீனார்த்தா இது கோவிந்தராஜ. அனந்தர அன்யவியாக்யானே உத்தமாங்கனாபிலாஷரூபஹீனப்பிரயோஜனம் உத்தமாயா அங்கன தஸ்யாம் அபிலாஷகர்ணரூபம் யத் ஹீனம் பிரயோஜனம் வர்த்ததே தாதுஷ ஹீனப்பிரயோஜனவான் புருஷா இது. இத்யுக்தே லோகே கதம் குத்ர வயம் ஏதத் வியவஹர்த்தும் சக்நுமஹ இத்யுக்தே யஸ்ய பிரயோஜனம் நீச்சம் அதவா யஸ்ய இன்டென்ஷன் அதவா அபிப்ராயஹ அதவா கர்ம அதவா வியூஹ நீச்சஸ்தரீய அனுத்தம நிந்திய வர்த்ததே தம் புருஷம் வயம் சது அத்தியந்தம் ஹீனார்த்தா இது வயம் லேகித்தும் அனுவதித்தும் கதாசு லேகித்தும் சக்குமா. ஹீனார்த்த ச புருஷ நாம தஸ்ய புருஷார்த்த சம்பந்த ஏவ நாஸ்தி. கதா கதாச்சித் டெரரிஸ்ட் இத்தியாதி சந்தர்ப்பே நக்சலைட்ஸ் சந்தர்ப்பே அதுவா எத்திர க்வாபி அத்தியந்த சுது துராச்சாரி புருஷா கஷ்டித் கிராமே வர்த்ததே சேத் தாதுசேஷு சந்தர்ப்பேஷு ஏகம் அத்தியந்த யோக்ய பத பிரயோக ரூபேண ஹீனார்த்த சப்தஸ்ய பிரயோகம் வயம் கர்த்தும் சக்குமா. ஹீனா அர்த்தா யஸ்ய சஹ ஹீனார்த்தா. அர்த்தா இது சப்தஸ்ய பிரயோஜனம் இது ஸ்வீகிருத்த நிஷ்பிரயோஜன நீச்ச பிரயோஜன சாதனார்த்தம் க்ரூரகர்மயா கரோதி தத்ர பிரயோக்தும் சக்னுமஹ. நோச்சேத் அர்த்தசப்தஸ்ய புருஷார்த்த இது சந்தர்ப்பம் ஸ்வீகிருத்த அதர்மவான் யா புருஷோ ஹோதி தத்ர ஹீனார்த்த இது வக்தும் சக்னுமஹ. பரந்து அத்ர ஏகம் ஃப்ரேஸ் வர்த்ததே தத் மம அத்யந்தம் அஸ்மின் ஸ்லோகே பதானாம் அபேக்ஷையாபி ஏகத்ர அஹம் அன்யதபி அன்யமபி வியவசாயம் அகரவம் ஃப்ரேசியாலஜி ஃப்ரேசஸ் அபி சந்தி ராமாயணே பசியந்து நமே ஜீவன் கமிஷ்யசி இது ஏகம் ஃப்ரேஸ் ஏக ஏக காம்பினேஷன் ஆஃப் வேர்ட்ஸ் பத சந்தர்ப்பா ஏஷா ஃப்ரேஸ் இத்தியஸ்ய சம்ஸ்கிருத பாஷாயாம் கிமிதி கிஞ்சித் விசாரணீயம் வர்த்ததே. விசிஷ்ட பத சந்தர்ப்பா இத்தியவ ஸ்வீகரணீயம் நமே ஜீவன் கமிஷ்யசி இது வர்த்ததே. இத்யுக்தே யாவத் அஹம் ஜீவாமி தாவத் பர்யந்தம் இதஹ பவான் கந்துமபி ந சக்னோதி அஹம் மிரியே கதா பின்ன நேனு பத்திக்குண்டுகா நீ இக்கடி நிச்சி கதல் லேவு இது வதாவா சாலஞ்சிங் கல்ல சமயே நேனு பத்திக்குண்டுகா நீ ஆ பணி செய்யலேவு எக்ஸாக்ட் ராமாயணே அயமேவ லோக லோகசித்த பதப்பிரயோக சந்தர்ப்பாக வருது. அயமேவ அபிப்பிராய அத்த பிரயுக்தோ வர்த்தது. பின்ன பின்ன பாஷாசு கதனீயம், பரந்து அஹம் தெலுங்கு பாஷி, தஸ்மாத் தெலுங்கு மத்தியேவ மாதபாஷாயமேவ தத் இடியம் அண்ட் கலோக்கியூலிசம் அண்ட் ஃப்ரேசியாலஜி விஷய வயம் அதிக்கம் விசாரயும் சக்னுமா. வசதா ஏதத் ஏனம் உபன்யாசம் அஹம் தெலுங்கு பாஷாயாம் கரோமி சேத் இத்தோபி கிஞ்சித் விசிஷ்ய அஹம் விஸ்லேஷணம் கர்த்தும் பிரபவாமி. அத்தா தெலுங்கு மத்தியே மத்தியே அவசியம் உதாஹராமி. மே ஹிந்தி மே பி ஐசா ஹி ஹே, ஹிந்தியாம் அப்படி சந்தி, ஹிந்தியாம் சர்வாசு மாதபாஷாசு ஏகவிதாக ஏதே பிரயோகா சந்தி, நாம லோகே பிரதிஷ்டிதாக ஏதே பிரயோகா ராமாயணே சந்திருஷ்யந்தி தௌசண்ட்ஸ் ஆஃப் இயர்ஸ் பிஃபோர். அத்தையவ வயம் கதையாமா ராமாயணம் காவியம், காவியம் ஆதி காவியம் இத்தியுக்தே லோக காவியம் ராமாயணம், நது கவீனாம் விதுஷாம் காவியம் நாஸ்தி லோகானாம். சுகோஷிதா இது ஏகா சப்தா, சுகோஷிதாஸ்ம பகவம் ஸ்வயா பூஜ்யேன பூஜிதாக ஆபிருச்சாம பிரயாஸ்யாமோ முனயஸ்வரயந்தினா. சுகம் சுகோஷிதா இது சீதா சந்தர்ப்பே சுகோஷிதா இது பதமபி பஹுவாரம் பிரயுக்தம் வர்த்ததே வால்மீகி மகர்ஷினா. சுகதயா வாசா யஸ்யா சுகோஷிதா, நாம இதானீம் மன்யே சரபங்காசிரமம் வா குற்றச்சித் ஆகத்த அஹம் கதாம் இதானீம் ந ஸ்மராமி, விராத பிரகரணானந்தரம் க்வச்சித் ஆசிரமே கதாஹ அதவா அத்ரி க்வச்சித். சுகோஷிதாஹ ஸ்மஹ பகவன் த்வயா பூஜ்யேன பூஜிதாஹ, பூஜ்யேன த்வயா பூஜிதா சந்தோ வயம் ராமலக்ஷ்மண சீதாஹ. சுகோஷிதாஹ ஸ்மஹ சுகேன பவதாம் ஆசிரமே அத்தியந்தம் சுகவாசம் கிருதவந்தஹ. உஷிதா வசதாதோ உஷித இது பவதி சம்பிரசாரணம், ஏவஞ்ச சுகதயா உஷிதாஹ சுகோஷிதாஹ, சுகேன உஷிதாஹ சுகோஷிதாஹ, ஏவஞ்ச கம்ஃபர்டபுள் ஸ்டே இது கதையாமல். டிட் யூ ஹேவ் கம்ஃபர்டபுள் ஸ்டே, ஹா அத்தியந்தம் சுகோஷிதாஹ ஆசன், ஐ ஹேட் அ கம்ஃபர்டபுள் ஸ்டே. அபிச்ச கன்யா பதிகிருஹம் கச்சதி சா தத்ர சுகோஷிதா வர்த்ததே, ஷீ இஸ் தேர் இன் ஹர் இன்லாஸ் ஹவுஸ் இன் எ வெரி கம்ஃபர்டபுள் வே சுகோஷிதா. அஸ்மின்னேவ சந்தர்ப்பே சீதாயாஹ விசேஷணதையா சுகோஷிதா சப்த பிரயோகம் கிருத்தவான் மகர்ஷிஹ வால்மீகி. அத்த சுகோஷிதா இது சப்தா யத்ர வாசகரணேன சம்பூர்ண சுகம் அனுபவந்தி தானியம் சுகோஷிதா இது விசேஷணம் பவதி. அன்யத்ர க்வாபி அஹம் சாஹித்யே ந த்ருஷ்டவான், அத்ரேவ த்ருஷ்டவான் அஸ்மி சுகோஷிதா இது சுகம் நிவாசிதா இது கோவிந்தராஜியே. வயம் ஏதஸ்மின் ஆசனே சுகோஷிதா ஸ்மஹ தத் சோஃபா மத்யே சுகோஷிதம் ஆசன் சுகோஷிதாசனம் சுகோஷிதா ஸ்மஹ அத்ர அஹம் சுகோஷிதோஸ்மி. அதவா தத்ர கேவலம் உபவேசனஸ்யேவ சோஃபா இத்யாதிஷு, பரந்து கஸ்யசித் கிருஹே வாசஹ சுகாய பவதி, கஸ்யசித் கிருஹே வாசஹ ந சுகாய பவதி ந துக்காய பவதி, க்வச்சித் கிருஹே வாசஹ துக்காய பவதி இது தூ வர்ததே. ஸ்தான விசேஷே மந்திர விசேஷே ஹோட்டல் விசேஷே கிரக விசேஷே தத்ர வயம் சுகோஷித இது காம்பினேஷன் வயம் துக்கோஷிதா இத்தியபி கர்த்தும் சக்யதே, பிரியோஷிதா இத்தியபி கர்த்தும் சக்யதே, ஸ்னேஹோஷிதா இத்தியபி கர்த்தும் சக்யதே. காம்பினேஷன் வேர்ட் ஏக சுகோஷித இத்தியேவ சப்தஹ ததர்த்தமேவ வயம் ந பரிகணாயாமஹ, ஏதத் சப்த சாஹாய்யேன வயம் பஹுவிதான் சப்தான் நிர்மாய அபேக்ஷிதார்த்தான் வயம் நிர்மாதும் பிரபவாமஹ, ஏ பிரயோகாஹ பிராமாணிக்காஹ பவந்தி. காயினிங் கரணீயம், பரந்து காயினிங் பிராமாணிகதையா கரணீயம், நது யதேச்சம் கரணீயம் இது மம அபிப்ராய. சிலக்ஷணம் இது கதையந்தி, வயம் பிராயஹ லோகேன பிரயுஞ்சுமே, சாமானிய சப்தஹ கோஷே வர்த்ததே, பரந்து பிரயோகே வயம் அதிகதையா தைனந்தினிக வியவஹாரே ஏதஸ்ய சப்தஸ்ய அபேக்ஷித பிரமாணேன பிரயோகம் ந குர்வந்த ஸ்மஹ, அதஹ அஹம் தத்ர திருஷ்டிம் தாதும் இச்சாமி. உதயந்தம் தினகரம் திருஷ்ட்வா விகத கல்மஷா சுதீக்ஷ்ண சுதீக்ஷ்ணாசிரமஸ்ய கதா, சுதீக்ஷ்ணாசிரமே சுகோஷித இது கதனம் சுதீக்ஷ்ணாசிரமே. அனந்தர ஸ்லோகே இதம் வர்த்ததே. சுதீக்ஷணம் அபிகம்யேதம் ஸ்லக்ஷணம் வச்சனம் அப்ரூவன். ஸ்லக்ஷணம் வச்சனம் இது கதையது, வாக்கியம் ஸ்லக்ஷணம் பவதி இது கதையந்தி. நாம வச்சன தர்ம ஸ்லக்ஷணதா வச்சன தர்ம அத்தியந்தம் லோகே அபேட்சித சப்தா. வயம் இதானிம் அத்யத்வே ந பிரயுன் கோர்த்தா இது இதோபி அன்வேஷணம் கரணியம். நாம எஸ்ய வச்சனம் அத்தியந்த சம்ஸ்லிஷ்டம் வர்த்ததே, அத்தியந்த பிரபாவசாலி மிருது பரஸ்பர சம்பத்தம் வர்த்ததே, ததா பாஷணம் ஸ்லக்ஷணம் ஸ்லக்ஷணம் பாஷணம் ஆக்ட் ஆக்ட் இது ஆங்கிலபாஷாயாம் யத் வயம் கதையாமஹ தத்ர ஸ்லக்ஷண சப்தா வர்த்ததே. ஸ்லக்ஷணம் வச்சனம் அப்ருவன், ஸ்லக்ஷணம் வச்சனம் அப்ருவன். ஆப்ட் words, they told apt words or they discussed with him in an aptly. Ha, apt iti angla bhashayam yadasti tatra samanarthakataya yasha shabdaha upayoktum chitta. Durdharshaha iti shabdaha bahushu sthalesu agataha. Dharshanam nama balatkara. Janam rape ityadi sandarbheshwapi rape kandaha jatah khalu. தத்ர தாதிருஷ சந்தர்ப்பேஷு சம்ஸ்கிருத தாதுஹு தர்ஷண தாதுரேவ தர்ஷயதி இத்யேவ பலாத்கரோதி இது வர்த்ததே. பரந்து தர்ஷண சப்தா சர்வத்ர வர்த்ததே, ராமாயணே சஹஸ்ரவாரம் ஆகதா. சதுர்தர்ஷம் இது கதையது, துர்தர்ஷா நாம தர்ஷிதும் அசக்யா. ஹீ கனாட் பி த்ரெட்டன்ட், ஹீ கனாட் பி கவுண்டர், he cannot be countered, he cannot be threatened, he cannot be attacked, he is above, he is protected from attack. Pravishyatu maharanyam dandakaranyam atmavan atmavan tat atmavan atmavan agachyateva. Dadarsha ramo durdharshah tapasashrama mandalam. Durdharshah ramah nama ramah kenapi satvena dharshitum yogyo nasti. Durdharshah, he cannot be attacked or countered or durdharsha. Evameva stri saha kruratma striyam dharsheti ayameva dhatuhu balatkara arthe prayoktum arhaha vartate iti vayam upayoktum shaknumaha. Adharma karishitam tatassa raudre bhiratah prasakto adharma karishitah tasya shastrasya sambhasat சம்பாசாத் ஜகாம நரகம் முனிஹி. அதர்ம கரிசிதா இத்தே ஹீன தர்ம கிருதா தூரீகிருதா தர்ம, அதர்மேண பீடிதா கரிசிதா பீடிதா அதர்மேண பீடிதா ரூப கரிசிதா ஸ்னேஹ கரிசிதா ஸ்னேஹேனாபி கதா கதாச்சித் பீடா போதி தசிய ஸ்னேஹேன கந்தவியம் போதி கமனேன சே பீடா போதி. அதஹ ஏவம் வதாமஹ தசிய ஸ்னே ஸ்னேஹ கரிசிதோஹம் மஹாந்தம் க்லேஷம் அனுபவம் இது கதையிதும் பிரபவாமஹ. ஸ்னேஹ கரிசிதா தர்ம கரிசிதா அதர்ம கரிசிதா பாப கரிசிதா புண்ய கரிசிதா, யூ கேன் காயின் இன் நம்பர் ஆஃப் வேர்ட்ஸ். லோப கரிசிதா காம கரிசிதா தனகரிசிதா தனேன இத்தியாதி காம்பினேஷன் வேர்ட்ஸ் மத்தியே பகு. திரக்ஷ்யசே திருஷ்டி ரம்யாணி கிரிப்பிரஸ்ரவணானி ச ரமணீயானி அரண்யானி மயூராபிருதானி ச. அத்ர திருஷ்டி ரம்யாணி பிரதேசானி திரக்ஷ்யசே இது வருது. திருஷ்டி ரம்யாணி சீனிக் திருஷ்டி ரம்யோ தேசா சீனிக் தேச இது சீனிக் இது ஆங்கிலபாஷாயாம் வதாமஹ தத்ர திருஷ்டி ரம்யம் வனம் திருஷ்டி ரம்யாணி சித்ராணி திருஷ்டி ரம்யா உத்தேச திருஷ்டி ரம்யம் மகாநகரம் நியூயார்க் நகரம் திருஷ்டி ரம்யம் பவதி. திருஷ்டி ரம்யம் நியூயார்க் நகரம் திருஷ்டி ரம்யம் பாரிஸ் நகரம் இத்தியாதி வியவஹாரேஷு திருஷ்டி ரம்யம் திருஷ்டேஹே ரமணீயதா எத்ர வர்த்ததே இதி ஏகம் காம்பினேஷன் வேர்ட் वयं रामायणे प्राप्नुमः यस्य लोके उपयोगः कर्तुं शक्यते। एवं रामायणे बहुविधाः प्रयोगास्सन्ति। केवलम् अहं तृतीय अरण्यकाण्डे एतावत्पर्यन्तं केवलं कतिपय सर्गेषु कतिपय उदाहरणानि दृष्टवान्। अतः क्रियापदानां वास्तविकार्थः कः इति परिज्ञानम् एकं प्रयोजनं, काम्बिनेशन् वर्ड् निर्माणं द्वितीयं प्रयोजनं, सहजसिद्धसन्दर्भेषु लोकभाषानुरूपतया इडियमेटिक् प्रयोगकरणं तृतीयं प्रयोजनं, कतिपयविशिष्टपदानां एकसन्दर्भेण फ्रेसिङ्ग् कृत्वा तादृश फ्रेजस् कथं भवितुमर्हन्ति, लोके प्रयोक्तुं शक्याः के ते भवन्ति इति अन्वेषणार्थम्, एवं व्यवहारार्थम् अपेक्षितव्यवहारे सामर्थ्यस्य सम्पादनार्थं, व्यवहारे विद्यमानस्य सामर्थ्यस्य अभिवर्धनार्थम् अपेक्षितप्रमाणेन रामायणं प्रतिदिनं पठनीयं वर्तते। अनया दृष्ट्या यदि वयं रामायणं भूयो भूयः पठामः, कालान्तरे अस्माकं व्यवहाररीतिः, लेखनरीतिः, लेखनपटुता, व्यवहारपटुता अत्यन्तं वर्धिष्यते इति अहं विश्वसि। धन्यवादः।